सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, सूत्राणां बलाबलम् इति विषयः प्रवर्तमानः अस्ति। गते वर्गे नित्यसूत्रस्य प्रसङ्गे चिन्तनं कृतवन्तः। सूत्राणां बलाबलं प्रसङ्गे सूत्रद्वयं पठनीयं, परिभाषाद्वयमपि पठनीयं। पूर्वस्मिन् वर्गे विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गे ज्ञातवन्तः। एका परिभाषा अपि दीयते अस्मिन् करपत्रे, सा अपि अवलोकनीया। पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अपि पठनीया। पदनिर्माणावसरे एकस्मिन् समये एकस्मिन् स्थले सूत्रद्वयम् अथवा बहूनि सूत्राणि एकत्र आगत्य कार्यं कर्तुम् उद्युक्तं भवति चेत् अनया परिभाषया अपि निर्णयं कर्तुं शक्नुमः। इत्युक्ते कस्य सूत्रस्य कार्यं प्रथमं कुर्यात् अनया परिभाषया निर्णयः क्रियते। अस्याः परिभाषायाः अर्थः कः? पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति। पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति परिभाषया उच्यते। अस्यां परिभाषायां पूर्वपरशब्दाभ्यां विप्रतिषेध्यपरं कार्यम् इत्यस्मिन् सूत्रे यदुक्तमस्ति तदेव उक्तमस्ति। पूर्वपरशब्दाभ्यां द्वयोः सूत्रयोः मध्ये यदा यदा विप्रतिषेधः भवति, विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः इत्युक्ते, तयोः द्वयोः सूत्रयोः कृते अन्यत्र कार्यं कर्तुम् अवकाशः अस्ति, अपि च तयोः द्वयोः सूत्रयोः प्राप्तिः एकत्र अस्ति, अपि च तत् सूत्रद्वयम् अष्टाध्यायीग्रन्थस्य प्रथमभागे सपादसप्ताध्याय्याम् अस्ति। तादृशी स्थितिः अस्ति चेत् तदा विप्रतिषेधे परं कार्यम् इति सूत्रेण निर्णयं कर्तुं शक्नुमः। तयोः द्वयोः सूत्रयोः परसूत्रं किम् इति दृष्ट्वा परसूत्रस्य कार्यमेव करणीयं विप्रतिषेधे परं कार्यम् इति नियमेन। तदेव व्यक्तीकरणं, तदेव अभिव्यक्तिः पूर्वपरशब्दाभ्याम् अस्यां परिभाषायां दत्तमस्ति। तस्यां परिभाषायाम् इतोपि नित्यसूत्रस्य प्रसङ्गे, अन्तरङ्गसूत्रस्य प्रसङ्गे, अपवादसूत्रस्य प्रसङ्गे अपि उक्तमस्ति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्। नित्यसूत्रं नाम किम्? नित्यसूत्रस्य लक्षणानि कानि इति अपि ज्ञातव्यं। तदेव वयं गते वर्गे पठितवन्तः, किञ्चित् पुनस्मरणत्वेन स्मारयामि। नित्यसूत्रं नाम किम् इति प्रश्ने सति, कृताकृतप्रसङ्गीविधिः, यः विधिः कृताकृतप्रसङ्गीविधिः अस्ति सः विधिः नित्यविधिः। पदनिर्माणसमये एकस्मिन् समये एकस्मिन् काले समानस्थले एकस्मिन् सोपाने युगपत् सूत्रद्वयम् आयाति चेत्, तयोः द्वयोः मध्ये सङ्घर्षः अस्ति चेत्, केन सूत्रेण कार्यं करणीयम् इति प्रश्नः उदेति चेत्, तयोः द्वयोः एकं सूत्रं नित्यसूत्रमस्ति चेत् तदा नित्यसूत्रस्य कार्यमेव करणीयम्। नित्यविधिः अथवा नित्यशास्त्रम् अथवा नित्यसूत्रं नाम किम् इत्युक्ते, अन्यस्य सूत्रस्य कार्यात् पूर्वमपि, अन्यस्य सूत्रस्य कार्यस्य अनन्तरमपि एकस्य सूत्रस्य कार्यं भवति चेत्, यस्य सूत्रस्य प्राप्तिः पूर्वमपि अस्ति अनन्तरमपि अस्ति तत् सूत्रं नित्यसूत्रम् इति वक्तव्यम्। इत्युक्ते अन्यस्य सूत्रस्य कार्यात् पूर्वं कार्यस्य अनन्तरमपि एकस्य सूत्रस्य कार्यं भवति चेत्, यस्य सूत्रस्य प्राप्तिः पूर्वमपि परमपि भवितुं शक्नोति तादृशं सूत्रमेव नित्यसूत्रं। तत् नित्यसूत्रं सङ्ख्यादृष्ट्या पूर्वसूत्रं चेदपि तस्य कार्यमेव प्रथमं करणीयम् इति सारांशः। इत्युक्ते नित्यत्वबलेन तस्य प्राप्तिः भवति, इत्युक्ते अन्यसूत्रस्य कार्यं कृतं चेदपि अकृतं चेदपि यस्य सूत्रस्य प्राप्तिः भवति तत् सूत्रं नित्यसूत्रम् इति वदामः। परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यत्वबलेन नित्यसूत्रं पूर्वसूत्रं चेदपि तस्य कार्यमेव प्रथमं करणीयम्। एतस्य अवगमनार्थं वयम् उदाहरणं दृष्टवन्तः। तुदति इति तिङन्तपदं स्वीकृत्य वयं परिशीलितवन्तः। तुदति इति तिङन्तरूपसाधनवेलायां कीदृशं चिन्तनम् अस्ति, तत्र कानि कानि सोपानानि सन्ति इति परिशीलयामश्चेत्, तुद् धातुः तुदादिगणीयः, अपि च तुदादिगणस्य प्रथमसदस्यः। तुद् धातोः परम् अस्माकं विवक्षानुगुणं लट्लकारविवक्षा अस्ति, इत्यतः तुद् धातोः परं लट्लकारविवक्षायां वर्तमाने लट् इति सूत्रेण लट् इति प्रत्ययः विहितः भवति। लट् प्रत्ययस्य अनुबन्धलोपानन्तरं ला एव अवशिष्यते। तुद्योगः ला इति स्थितिः अस्ति। लस्य इति सूत्रेण प्रथमपुरुष एकवचनविवक्षा अस्ति इति कारणतः तिप् इति प्रत्ययः आयाति लकारस्य स्थाने। तत्र तिप् तस् झि इति एकं दीर्घं सूत्रम् अस्ति, तेन सूत्रेण प्रथमपुरुष एकवचनप्रत्ययः तिप् प्रत्ययः तुद् धातोः परम् आयाति। पश्चात् तुद्योगः तिप् इति स्थितिः अस्ति। तस्यां दशायां केषां केषां सूत्राणां प्रसक्तिः अस्ति इति प्रश्ने सति, तत्र त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति। किमर्थं चेत् तत्र तिप् प्रत्ययः सार्वधातुकप्रत्ययः, तिङ्क्षित् सार्वधातुकं सूत्रेण तिप् प्रत्ययः सार्वधातुकप्रत्ययः, तुद् धातुः उदुपद्धधातुः, अतः पुगन्तलघुपधस्य च इति सूत्रस्य कार्यं भवितुं सूत्रस्य प्रसक्तिः अस्ति, कार्यं भवितुं शक्नोति। अपि च तिप्रत्ययः कर्त्रार्थकः सार्वधातुकः, कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति धातोः परम् इत्यतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अपि अस्ति, कर्तरि शप् सूत्रेण शप् अपि आगन्तुं शक्नोति। तुद् धातुः तुदादिगणीयः, तुदादिगणीयधातुः, अपि च तिप्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति इति कारणतः तुदादिभ्यः शः सूत्रस्य प्रसक्तिः अपि तत्र अस्ति। इत्युक्ते एकस्मिन् काले एकस्मिन् स्थले तुद्योगः तिप् इत्यस्यां दशायां त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति। तदा अस्माकं पुरतः कः उपायः अस्ति, किं करणीयम् इति प्रश्ने सति, तत्र कर्तृशप् तुदादिभ्यः शः द्वयोर्मध्ये किं चिन्तनमस्ति इत्युक्ते, कर्तरि शप् इति सूत्रम् उत्सर्गसूत्रं, सामान्यसूत्रं, तस्य कार्यं कर्तुम् अन्यत्र लब्धावकाशः अस्ति। कर्तरि शप् सूत्रस्य कार्यं भवितुं भुवादिगणे अपि च चुरादिगणे तस्य कार्यं भवितुं कार्यक्षेत्रम् अस्ति, किन्तु तुदादिभ्यः शः इति सूत्रस्य कृते तुदादिगणे एव अवकाशः अस्ति। तस्य कार्यं भवितुं तुदादिभ्यः शः सूत्रस्य कार्यं भवितुं तुदादिगणीयधातुषु एव कार्यक्षेत्रमस्ति, अन्यत्र कुत्रापि तस्य कृते अवकाशः नास्ति। अतः तुदादिभ्यः शः इति सूत्रम् अपवादबलेन कार्यं करोति। तुदादिभ्यः शः सूत्रं कर्तरीषप् सूत्रस्य कृते अपवादसूत्रम्। तुदादिभ्यः शः इति सूत्रेण कर्तरीषप् इति सूत्रं बाधितं भवति। अस्मिन् सन्दर्भे कर्तृशप् सूत्रस्य अपेक्षया तुदादिभ्यः शः इति सूत्रं बलवत् भवति। किमर्थं चेत् अपवादसूत्रमस्ति, अपवादबलेन कार्यं भवति। अपवादसूत्रमस्ति इति कारणतः तुदादिभ्यः शः इति सूत्रस्य प्राप्तिः भवति। तुदादिभ्यः शः सूत्रस्य कार्यम् अत्र न भवति चेत् तस्य कृते अन्यत्र लब्धावकाशः नास्ति, अवकाशः नास्ति चेत् तत् सूत्रं निरर्थकं भवति, व्यर्थं भवति, तथा मा भवतु इति मत्वा पाणिनिः प्रत्येकं सूत्रस्य कृते एकत्र कार्यक्षेत्रं कल्पितवान्। इत्युक्ते तुदादिभ्यः शः सूत्रस्य कृते तुदादिगणीयधातुषु अवकाशः कल्पितः। अन्या वार्ता का इत्युक्ते, सर्वदा सर्वेषां सूत्राणाम् अपेक्षया अपवादसूत्रमेव बलीयः इति स्मर्तव्यः अंशः अस्ति। इदानीं तुदादिभ्यः शः पूगन्तलघुपधस्य च अनयोः द्वयोः मध्ये किं चिन्तनम् अस्ति इति परिशीलनीयम्। इत्युक्ते पृथक्तया सूत्रद्वयं स्वीकृत्य तयोर्मध्ये किं चिन्तनम् अस्ति इति परिशीलनीयम्। पुगन्तलघुपधस्य च सूत्रं सूत्रसङ्ख्यादृष्ट्या परसूत्रमस्ति, तुदादिभ्यः शः इति पूर्वसूत्रमस्ति। इदानीम् अत्र परसूत्रबलेन पुगन्तलघुपदस्य च सूत्रस्य कार्यं कुर्मः चेत्, प्रथमं कुर्मः चेत् तत्र स्थितिः का, तुद्योगः तिप् इत्यत्र पुगन्तलघुपदस्य च इति सूत्रं प्रथमं कार्यं करोति चेत् तोद् इति भवति। पुगन्तलघुपदस्य च सूत्रस्य कार्यस्य अनन्तरमपि तुदादिभ्यः शः सूत्रस्य प्रसक्तिः अस्ति, प्राप्तिः अस्ति. प्रथमतया भुगन्तलघुपदस्य च सूत्रस्य कार्यं कृत्वा पश्चात् तुदादिभ्यः शः सूत्रस्य कार्यं कुर्मः चेत् तदा तोदति इति अनिष्टं रूपं सिद्ध्यति. इष्टरूपसिद्धिः एव अस्माकं लक्ष्यं. भुगन्तलघुपदस्य च पूर्वमपि तस्य कार्यस्य अनन्तरमपि तुदादिभ्यः शः सूत्रस्य कार्यं भवितुं शक्नोति. प्रथमतया भुगन्तलघुपदस्य च सूत्रस्य कार्यं भवति चेत् अनिष्टरूपापत्तिः भवति. अत्र विपरीतदिशि अपि अस्माभिः द्रष्टव्यम्. पुगन्तलघुपदस्य च सूत्रस्य विधिः कीदृशमस्ति इति अपि द्रष्टव्यम्. पुगन्तलघुपदस्य च सूत्रस्य कार्यं तादृशं नास्ति. पश्यन्तु, तुद्योगः श्यायोगः तिप् इति स्थित्यां तुदादिभ्यः शः इति सूत्रस्य कार्यं प्रथमं कुर्मः चेत् तत्र तुद्योगः श्यायोगः ति इति स्थितिः अस्ति खलु. तुदादिभ्यः शः सूत्रस्य कार्यम् आदौ भवति चेत् पुगन्तलघुपदस्य च सूत्रस्य कार्यं भवितुं न शक्नोति. किमर्थं चेत् तुदादिगणीयगणविकरणप्रत्ययः शाप्रत्ययः, तस्मिन् प्रत्यये शित्वम् अस्ति किन्तु पित्वं नास्ति. शाप्रत्ययः अपित् प्रत्ययः. तुदादिगणस्य गणविकरणप्रत्ययः शाप्रत्ययः अपित् प्रत्ययः. शित्वात् सार्वधातुकः एव. अयं शाप्रत्ययः सार्वधातुक अपित् प्रत्ययः. सार्वधातुक अपित् प्रत्ययः अस्ति इति कारणतः सार्वधातुकम् अपित् इति अतिदेशसूत्रेण सः प्रत्ययः नित्वत् प्रवर्तते. नित्वत् प्रवर्तते चेत् क्निति च इति सूत्रेण तत्र गुणकार्यं निषिध्यते. यद्यपि तुद् धातुः उदुपदधातुः, तथापि तत्र गुणकार्यं निषिध्यते क्निति च सूत्रेण. इत्युक्ते आदौ तुदादिभ्यः शः सूत्रस्य कार्यं भवति चेत् पुगन्तलघुपदस्य च सूत्रस्य कार्यं भवितुं न शक्नोति. तत्र द्वितीयसोपाने तत् कार्यं न भवति. इत्युक्ते पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं तुदादिभ्यः शः कार्यात् पूर्वमेव भवितुं शक्नोति, अनन्तरं तथा भवितुं न शक्नोति. तस्यां दशायां किं वक्तुं शक्नुमः? पुगन्तलघुपदस्य च इति सूत्रं नित्यसूत्रं नास्ति. तुदादिभ्यः शः इति सूत्रं नित्यसूत्रमस्ति. शाप्रत्ययस्य अपित्वकारणात् पुगन्तलघुपदस्य च सूत्रस्य कार्यं न भवति. तुद्योगः शायोगः ति इति स्थितिः अस्ति चेत् तत्र शाप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति. पुगन्तलघुपदस्य च इत्यस्य विधिः नित्यविधिः नास्ति. तस्य कार्यं नित्यकार्यं नास्ति. इत्युक्ते तस्य कार्यं पूर्वमेव भवितुमर्हति. तुदादिभ्यः शः सूत्रस्य कार्यानन्तरं पुगन्तलघुपदस्य च कार्यं न भवति एव. तुदादिभ्यः शः इति सूत्रस्य नित्यत्वबलेन तुदादिभ्यः शः सूत्रं पूर्वसूत्रं चेदपि, पुगन्तलघुपदस्य च सूत्रं परसूत्रं चेदपि तत्र पूर्वपरप्रसङ्गः नास्ति. तत्र केवलं नित्यप्रसङ्गः एव अस्ति. तुदादिभ्यः शः इति सूत्रं पूर्वसूत्रं चेदपि तत्र नित्यत्वबलेन प्रथमं तस्य कार्यमेव करणीयम्. तुद्योगः श्यायोगः ति इत्यत्र तुदति इति रूपं जानीमः एव. अस्मिन् सन्दर्भे तुदादिभ्यः शः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः सोपानक्रमे सूत्रसङ्ख्यायाः महत्त्वम् अस्ति चेदपि, पूर्वसूत्रं चेदपि नित्यत्वबलेन कार्यं भवति इति स्मर्तव्यः अंशः. वयं जानीमः खलु, प्रथमतया विकरणप्रत्ययस्य विधानमेव भवति. शाविकरणप्रत्ययः एव प्रथमसोपाने आयाति. सामान्यतया कर्तरर्थकसार्वधातुकतिप्रत्ययं निमित्तीकृत्य विकरणप्रत्ययस्य विधानमेव प्रथमं कुर्मः खलु. एतादृशं समानं चिन्तनमेव इगुपधधातूनां प्रसङ्गे. दिवादिगणे, रुधादिगणे, स्वादिगणे, क्रियादिगणे अपि अन्यान् धातून्, इगुपधधातून् स्वीकृत्य एतादृशं चिन्तनमेव कर्तुं शक्नुमः. एकवारं तादृशं चिन्तनं कृत्वा परिशीलयन्तु. दिवादिगणे श्यन् अस्ति, रुधादिगणे श्नम् अस्ति, स्वादिगणे श्नु अस्ति, क्रियादिगणे श्ना अस्ति. एतेषां प्रसङ्गे अपि समानं चिन्तनम्. इगुपधधातुः अस्ति चेत् इगुपधधातूनां प्रसङ्गे एतादृशं समानं चिन्तनमेव कर्तुं शक्नुमः. द्वयोः सूत्रयोः मध्ये सङ्घर्षः अस्ति चेत् प्रथमतया द्वयोर्मध्ये विप्रतिषेधः अस्ति वा इति द्रष्टव्यम्. अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यं. विप्रतिषेधः अस्ति वा इति द्रष्टव्यं. विप्रतिषेधः अस्ति चेत् विप्रतिषेधे परं कार्यं सूत्रेण निर्णयः करणीयः. विप्रतिषेधः नास्ति चेत् द्वयोर्मध्ये अपवादसूत्रमस्ति वा इति द्रष्टव्यम्। द्वयोः सूत्रयोः मध्ये एकं नित्यसूत्रमस्ति वा, एकस्य सूत्रस्य विधिः नित्यविधिः अस्ति वा इति अपि द्रष्टव्यम्। नित्यविधिः अस्ति चेत्, नित्यसूत्रमस्ति चेत्, नित्यसूत्रं पूर्वसूत्रं चेदपि तस्य कार्यमेव करणीयम्। नित्यत्वबलेन नित्यसूत्रस्य कार्यमेव प्रथमं करणीयम्। अपि च सर्वेषां सूत्राणाम् अपेक्षया अपवादसूत्रमस्ति चेत् अपवादसूत्रस्य कार्यमेव करणीयम्। अपि च परिभाषायां किं दत्तं? पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति उक्तं खलु। अतः अन्तरङ्गप्रसङ्गे पठनीयम्। अन्तरङ्गः इति महान् प्रपञ्चः, तत्र बहु क्लेशः अस्ति, बहवः मतभेदाः सन्ति। कीदृशम् अन्तरङ्गम्? शब्दकृतनिमित्तिकान्तरङ्गं वा, अर्धकृतनिमित्तिकान्तरङ्गं वा, नो चेत् संज्ञाकृतनिमित्तिकान्तरङ्गं वा? तत्र बहवः मतभेदाः सन्ति, किन्तु यावच्छक्यम् अवगन्तुं प्रयत्नं कुर्मः। अद्य अन्तरङ्गम् इति बि बिन्दुतः आरभ्य पठेम, केवलं पुनस्मरणं कृतवती। अन्तरङ्गम् इत्यस्मात् आरभ्य अद्य अवगन्तुं प्रयत्नं कुर्मः। करपत्रं पश्यन्तु। एतावत्पर्यन्तं नित्यविधिः नाम किम् इति ज्ञातवन्तः, इदानीम् अन्तरङ्गम्। नीलं भगिनी, भवती आरम्भं करोतु।
अन्तरङ्गम्। अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः। अत्र प्रकारद्वयं प्रदर्श्यते। अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अव्ययः न वा यस्मात् प्रत्ययः विधिस्तदादिप्रत्ययङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम्, अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्। यथा भवती उक्तवती, अन्तरङ्गं बहुविधम्, अतः तत्र महान् प्रपञ्चः वर्तते। अत्र अस्मिन् करपत्रे प्रकारद्वयं तत्र प्रदर्श्यते। प्रथमे तत्र अङ्गम् इत्युक्ते किम् इति तस्य विषये दत्तम्। अत्र यः बलाबलचिन्तने यः अङ्गम् अन्तरङ्गम् इति यः तत्र अङ्गम् इति पदम् अस्ति, सः तत्र अव्ययः न स्वीकुर्मः, अपि च यस्मात् प्रत्ययः विधिस्तदादिप्रत्ययङ्गम् इति तदपि यत् अङ्गम् उच्यते तदपि अङ्गम् अत्र नास्ति। अत्र तु अङ्गं केवलम् इत्युक्ते निमित्तम् अस्ति, कार्यस्य कृते यत् निमित्तम् अपेक्षितं तदेव अङ्गम्। अत्र अङ्गस्य अर्थः, अङ्गमिति शब्दस्य अर्थः।
साधु उक्तवती भगिनी, अन्तरङ्गसूत्रस्य लक्षणं किम् इति ज्ञातव्यं खलु। अन्तरङ्गमिति महान् प्रपञ्चः, अन्तरङ्गं बहुविधम् अस्ति, सप्तविधम् अस्ति इति पूर्वम् उक्तमस्ति, किन्तु अस्मिन् विषये बहु जाटिल्यम् अस्ति। सङ्ख्या तु प्रसिद्धा नास्ति। केचन वैयाकरणाः वदन्ति सप्तविध अन्तरङ्गमस्ति इति वदन्ति। अत्र अङ्गम् इत्युक्ते निमित्तम् इति विषयं मनसि निधाय अग्रे गन्तव्यम्। अङ्गम् इत्युक्ते निमित्तम् इति वक्तव्यमस्ति। अन्तरङ्गस्य प्रसङ्गे बहवः मतभेदाः सन्ति, अन्तरङ्गस्य चिन्तनं सर्वदा न भवति, बहु विरलतया एव भवति। रेयर्लि विल् कम् अक्रास् दिस् कैण्ड् आफ् चिन्तनम्। अन्तरङ्गसूत्रस्य प्रसङ्गः, प्रसक्तिः अथवा चिन्तनं विरलतया एव आयाति। अस्य अवगमनविषये कश्चित् क्लेशः अस्ति, किन्तु अन्तरङ्गस्य प्रसङ्गे प्रकारद्वयमस्ति। अन्तर् इत्युक्ते मध्ये इति अर्थः अस्ति, अन्तर् इत्युक्ते मध्ये, अङ्गम् इत्युक्ते निमित्तम्। अन्तः अङ्गं यस्य, तत् इति अत्र बहुव्रीहिसमासः अस्ति। अन्तरङ्गं सूत्रं बहुव्रीहिसमासः अस्ति। साधारणतया अङ्गम् इति कथनेन अवयवः इति वयं चिन्तयितुं शक्नुमः, इत्युक्ते तादृशलोकव्यवहारः अस्ति। अङ्गम् इत्युक्ते शरीरस्य अङ्गानि, पादः, हस्तः, नेत्रं, पादाः, जानु इत्यादयः शरीरभागाः इति अर्थः नास्ति। अत्र अङ्ग अङ्गीभावः नास्ति, अवयव अवयवीभावः नास्ति। अङ्गी इत्युक्ते यस्य अङ्गानि सन्ति सः अङ्गी, तत्र इनि प्रत्ययः अस्ति। यस्य अवयवाः सन्ति सः अवयवी। अङ्ग अङ्गीभावः नास्ति अत्र, अवयव अवयवीभावः अपि नास्ति। इत्युक्ते लोकव्यवहारे अङ्गम् इति कथनेन शरीरस्य भागाः इति अर्थः अस्ति, तादृश अर्थः अत्र नास्ति। अपि च संस्कृतव्याकरणे एकं सूत्रमस्ति, यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। भगिनी, भवती वदतु अस्मिन् प्रसङ्गे। नीलं भगिनी,
यस्मात् प्रत्ययः विधिः विधिस्तदादि प्रत्ययङ्गम् इति अङ्ग विधायक संज्ञासूत्रम्। अत्र अङ्गम् इत्युक्ते किम् इति अत्र लिखितं। यस्मात् प्रत्ययः विधिः इत्युक्ते यस्मात् शब्दात् इत्युक्ते प्रकृति अनन्तरं यत्र प्रत्ययविधानं भवति तत्र प्रकृतिप्रथम आदिवर्ण प्रारभ्य प्रत्ययस्य आदिं वर्ण पर्यन्तं यत् भागं तत् सर्वम् अङ्गम् इति उच्यते इति सूत्रस्य अर्थः. सो यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति अत्र प्रत्ययद्विवारम् उक्तम् अस्मिन् सूत्रे. सो प्रकृति आदिं वर्णस्य आरभ्य प्रत्ययस्य आदिं वर्णपर्यन्तं यत् भागं तत् सर्वम् अङ्गम् इति सूत्रस्य अर्थः.
उत्तमं, तादृशार्थः अत्र नास्ति खलु?
आं, तत् तादृश अर्थम् अत्र नास्ति, अत्र निमित्तम् इति स्वीकुर्मः.
संस्कृतव्याकरणे अङ्गम् इति व्याकरणविशिष्टपारिभाषिकशब्दः, व्याकरणविशिष्टपारिभाषिकशब्दः इत्युक्ते इट्स् अ टेक्निकल् टर्म् इन् संस्कृत् ग्रामर्. अङ्गं नाम किम् इति अवगन्तुम् अङ्गसंज्ञासूत्रमस्ति. यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इदम् अङ्गसंज्ञासूत्रम्. अष्टाध्याय्यां बह्व्यः संज्ञाः सन्ति. अष्टाध्याय्यां पठितासु संज्ञासु एका संज्ञा अस्ति अङ्गसंज्ञा. अनेन सूत्रेण अङ्गसंज्ञा नाम किम् इति ज्ञायते. यस्मात् शब्दात् प्रत्ययः विधीयते तदादिशब्दस्वरूपं प्रत्ययस्य अङ्गरूपेण भवति इति अर्थः अस्ति. अङ्गम् इति कथनेन कस्य प्रत्ययस्य अङ्गम् इति अपि वक्तव्यम्. प्रत्ययः नास्ति चेत् अङ्गसंज्ञा न सम्भवति एव. प्रत्ययस्य सन्दर्भः नास्ति चेत् अङ्गसंज्ञा न सम्भवति. अङ्गम् इति कथनेन कस्य प्रत्ययस्य अङ्गम् इति अपि वक्तव्यं. वयं जानीमः खलु पठति इति रूपसाधनवेलायां पठ्ययोगः शप्ययोगः तिप् इति तत्र स्थितिः आयाति खलु. शप् प्रत्ययस्य कृते पठिति धातुरूपी अङ्गम्, शप् विकरणप्रत्ययस्य कृते. तिप् इति तिङ् प्रत्ययस्य कृते पठ इति धातुविकरणयोः संयुक्तं रूपं, पठ इति अङ्गं भवति तिप् प्रत्ययस्य कृते. इत्युक्ते अङ्गम् इति व्याकरणे पारिभाषिकशब्दः, तादृशार्थः अत्र नास्ति. अन्तर् इति कथनेन मध्ये इति अर्थः अस्ति. अङ्गम् इति कथनेन निमित्तम् इति अर्थः अस्ति. भगिनी उक्तवती एव अङ्गसंज्ञासूत्रस्य प्रसङ्गे. अङ्गसंज्ञासूत्रं किं वदति? यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति, यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति, यस्य आदौ प्रकृतिः अस्ति, यस्य अनन्तरं सः प्रत्ययः उपस्थितः अस्ति, तस्य नाम अङ्गम्. प्रकृतिः इति कथनेन प्रातिपदिकमपि भवितुमर्हति, धातुः अपि प्रकृतिः भवितुमर्हति. तिङन्तपदमस्ति चेत् तिङन्तम् अथवा कृदन्तं चेत् धातुः प्रकृतिः भवति. सुबन्तपदमस्ति चेत् प्रातिपदिकं प्रकृतिः भवति. अङ्गम् इत्यस्य अर्थः कः? तत्र प्रत्ययात् प्राक् यावदस्ति तत्सर्वम् अङ्गम्, तत् अङ्गसंज्ञासूत्रेण उच्यते. किन्तु तादृशार्थः अत्र नास्ति, केवलं निमित्तम्. अङ्गम् इत्युक्ते अत्र निमित्तम् इति अर्थं स्वीकृत्य अग्रे गन्तव्यम्. भवती पठतु अग्रे.
परिभाषा इन्दुशेखरग्रन्थे लिख्यते, नित्याद् अपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति. द्वयोः सूत्रयोः समकालप्राप्तावसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ब नामक सूत्रम् अ नामक सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धं, यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. इत्थञ्च परशास्त्रस्य नित्यशास्त्रस्य च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थं अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे, परिभाषा 50.
प्रत्येकं वाक्यं स्वीकृत्य शनैः शनैः वदतु.
अत्र परिभाषा इन्दुशेखरग्रन्थे तत्र एकं परिभाषा दत्तं.
ग्रन्थस्य ग्रन्थकर्ता कः?
परिभाषा इन्दुशेखरग्रन्थस्य
नागेशभट्टः.
नागेशभट्टः, आमां,
नागेशभट्टः. परिभाषेन्दुशेखरः इति ग्रन्थे सर्वासां परिभाषाणां सङ्ग्रहः अस्ति. सर्वाः परिभाषाः तस्मिन् ग्रन्थे सङ्गृहीताः. अग्रे वदतु.
परिभाषा अस्ति नित्यादपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. सो वयं पूर्वे दृष्टवन्तः पूर्वपर अपेक्षया तत्र नित्यशास्त्रं बलीयः भवति, परन्तु इदानीम् अत्र लिखितमस्ति नित्यादपि अन्तरङ्गं बलीयः. सो नित्यसूत्रस्य अपेक्षया तत्र अन्तरङ्गं बलीयः भवति. किमर्थं चेत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, अन्तरङ्गशास्त्रस्य अपेक्षया बहिरङ्ग असिद्धत्वात् इति तत्र न अवगतम्.
अस्मिन् प्रसङ्गे अहं यद् जानामि तद् वक्तुम् इच्छामि. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. वयं पूर्वं किं चर्चितवन्तः? नित्यसूत्रस्य प्रसङ्गे एकं सूत्रं नित्यमस्ति चेत् अन्यत् सूत्रम् अनित्यं, तादृशं निर्णयं कृतवन्तः. तत्र सूत्रद्वयमस्ति, सूत्रद्वये एकं सूत्रं नित्यमस्ति, तदा अन्यत् सूत्रम् अनित्यं भवति आटोमेटिकल्लि. तादृशचर्चां वयं कृतवन्तः. तत्र नित्यत्वबलेन कार्यं भवति इति अवगतवन्तः. एवमेव अन्तरङ्गस्य प्रसङ्गे अपि एकं सूत्रम् अन्तरङ्गमस्ति चेत् अन्यत् सूत्रं बहिरङ्गसूत्रं भवति इति ऊहां कर्तुं शक्नुमः. एकस्मिन् स्थले सूत्रद्वयम् आगच्छति चेत् एकं सूत्रम् अन्तरङ्गसूत्रं भवति, अन्यत् सूत्रं बहिरङ्गसूत्रं भवति. कार्यं कर्तुं सूत्रद्वयम् आयाति चेत् तयोः द्वयोः मध्ये एकं सूत्रम् अन्तरङ्गसूत्रम्, अन्यत् बहिरङ्गसूत्रम् अस्ति चेत् अन्तरङ्गसूत्रं सर्वदा बलवत् भवति. अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रम् असिद्धम्. असिद्धम् इत्युक्ते तस्य अस्तित्वमेव नास्ति, बहिरङ्गसूत्रस्य बलं नास्ति, अन्तरङ्गसूत्रस्य बलमेव अस्ति. अत्र किं चिन्तनं करणीयम्? तत्र सूत्रद्वयम् अस्ति, एकं सूत्रम् अन्तरङ्गसूत्रम् इति वदामि चेत् अन्यत् सूत्रं बहिरङ्गसूत्रम् इति ऊहां कर्तुं शक्नुमः. तस्यां दशायां सर्वदा अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रम् असिद्धम् अस्ति. असिद्धम् इत्युक्ते तस्य अविद्यमानता अस्ति, तस्य अस्तित्वमेव नास्ति. तत् सूत्रं नास्ति इति एव मन्तव्यम्. इत्युक्ते बहिरङ्गसूत्रस्य बलं नास्ति, अन्तरङ्गसूत्रमेव बलवत् भवति. अन्तरङ्गसूत्रं नाम किम्? बहिरङ्गसूत्रं नाम किम्? अन्तरङ्गसूत्रस्य लक्षणानि कानि? कीदृशं सूत्रम् अन्तरङ्गसूत्रं भवितुमर्हति? बहिरङ्गविधिः नाम किम्? किमर्थं बहिरङ्गसूत्रस्य बलं नास्ति इति अवगन्तुं तत्र नियमाः सन्ति. अग्रिमेषु परिच्छेदेषु केचन नियमाः दत्ताः. ते नियमाः पूरिताः सन्ति चेदेव तत् सूत्रम् अन्तरङ्गसूत्रम् इति कथयितुं शक्नुमः. इत्युक्ते एकं सूत्रम् अन्तरङ्गम् अस्ति चेत् अन्यत् सूत्रं बहिरङ्गसूत्रम् इति वक्तुं शक्यते. सर्वदा बहिरङ्गसूत्रस्य असिद्धत्वम् अस्ति इति प्रथमतया मनसि स्थापयन्तु. तत्र सूत्रद्वयमस्ति, किन्तु बहिरङ्गसूत्रम् अन्तरङ्गसूत्रं प्रति असिद्धं भवति. तत् बहिरङ्गसूत्रं परसूत्रं चेदपि नित्यसूत्रं चेदपि बहिरङ्गसूत्रं, किन्तु अन्तरङ्गसूत्रस्य कार्यमेव भवति. अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रं सर्वदा असिद्धम्. अन्तरङ्गसूत्रस्य अपेक्षया बहिरङ्गसूत्रस्य बलं न्यूनमस्ति, अथवा भिन्नरीत्या बहिरङ्गसूत्रस्य अपेक्षया अन्तरङ्गसूत्रस्य बलम् अधिकम् अस्ति. अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गशास्त्रम् असिद्धम् इति सारांशः. अत्र एकं वाक्यं दत्तमस्ति, नित्यादप्यन्तरङ्गं बलीयः इति स्थूलाक्षरैः लिखितं वाक्यमस्ति. तस्य अर्थः कः भवति वदतु?
अस्तु, यथा तत्र अन्तरङ्गप्रसङ्गः आयाति तत्र वयं द्वितीयसूत्रं यः अस्ति सः बहिरङ्गमिति तत्र वदामः इति, तत्र बहिरङ्गस्य असिद्धत्वात्. इदानीं तत्र बलवत् इति यः अस्ति तस्य बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इत्युक्ते बलवत् स्थाने तत्र वयम् असिद्धम् इत्यपि तत्र तस्य ऊहं वक्तुं शक्यते. बलवत् स्थाने तत्र असिद्धमपि वयं वक्तुं शक्यते. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी अतः अर्थम् एवं भवति. द्वयोः सूत्रयोः समकालप्राप्तावसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. तत्र यदा तत्र अन्तरङ्गविषयः आयाति सूत्रद्वयोः मध्ये तत्र अन्तरङ्गविषयः आयाति चेत् तत्र यः द्वितीयसूत्रमस्ति सः तत्र बहिरङ्गशास्त्रं भवति चेत् तत्र असिद्धं भवति, इत्युक्ते बलवत् न भवति इति तत्र तस्य अर्थं भवति. इदानीं तत्र लिखितमस्ति नित्यादपि अन्तरङ्गं बलीयः. सो अत्र अपि शब्देन परशास्त्रस्य ग्रहणम् इत्युक्ते नित्याद् अपि अन्तरङ्गं बलीयः. सो नित्याद् अपि अन्तरङ्गं बलीयः इत्युक्ते नित्य, वयं पूर्वे दृष्टवन्तः यद्यपि सः नित्य पूर्वसूत्रम् अस्ति तथापि सः बलवत् भवति. पूर्वपरयोः प्रसङ्गे नित्य अनित्यविषये तत्र यद्यपि नित्यशास्त्रं पूर्वशास्त्रम् अस्ति तथापि सः बलवत् भवति. अत्रापि नित्यादपि अन्तरङ्गं बलिः, यद्यपि यः बहिरङ्गशास्त्रं नित्यम् अस्ति तथापि सः अन्तरङ्गस्य अपेक्षया तत्र बलवत् नास्ति. अपि शब्देन परशास्त्रस्य ग्रहणम् इत्युक्ते तत्र अपि इत्युक्ते नित्य अपि अन्तरङ्गं बलि, अन्तरङ्गं यद्यपि परशास्त्र, अपि शब्देन परशास्त्रस्य ग्रहणम्. अर्थं तु अवगतं परन्तु अत्र कथं वदामि
भवती चिन्तयतु. नरसिंह हेग्डे महोदय भवान् वदतु, प्रथमवाक्यात् आरभ्य स्वीयवाक्यैः भवान् वदतु.
एतद् नित्यादपि अन्तरङ्गं बलीय इति वाक्यं महोदय
अस्मिन् परिच्छेदे परिभाषेन्दुशेखरग्रन्थे लिख्यते. तस्मात् आरभ्य परशास्त्रस्य ग्रहणं तावत्पर्यन्तं किं लिखितम्?
नित्यादपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. नित्यादपि अन्तरङ्गं बलीय इत्युक्ते नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलीय इति. अन्तरङ्गे बहिरङ्गम्, अन्तरङ्गबहिरङ्गशास्त्रं यदि अस्ति चेत् तत्र बहिरङ्गशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं सिद्धं, बहिरङ्गशास्त्रम् असिद्धम् इति. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्, नित्यशास्त्रस्य अपेक्षया. पूर्वं वयं दृष्टवन्तः पूर्वपर नित्य अन्तरङ्ग इति, पूर्वस्य अपेक्षया परं बलवत्, परस्य अपेक्षया नित्यमन्तरम् परस्य अपेक्षया नित्यं बलवत्. अत्र दत्तमस्ति नित्यस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् इति. कारणमस्ति यत् अन्तरङ्गे बहिरङ्ग अस्य असिद्धत्वात्. तत्र अन्तरङ्गे बहिरङ्गम् असिद्धम् इत्युक्ते अन्तरङ्गशास्त्रं बलवत् भवति, बहिरङ्गशास्त्रं सिद्धं भवति. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. द्वयमपि समानमेव, बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् अथवा अन्तरङ्गशास्त्रं बलवत् इति द्वयमपि वक्तुं शक्नुमः. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी अतः अर्थः एवं भवति, द्वयोसूत्रयोः समकालप्राप्तावसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. यदि एकत्र समानकाले समस्थले सूत्रद्वयम् आयाति तत्र एकमस्ति अन्तरङ्गशास्त्रं, द्वितीयमस्ति बहिरङ्गशास्त्रं चेत् अन्तरङ्गशास्त्रं बलवत् भवति बहिरङ्गशास्त्रस्य अपेक्षया. नित्यादपि अन्तरङ्गम् इत्युक्ते नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलीयम्. इट् गोस् लैक् देट्, पूर्व पर नित्य अन्तरङ्ग, इन् देट् आर्डर् इट् गोस्.
इतोपि किञ्चित् अस्ति, नित्यादप्यन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम् इत्युक्ते किम्?
परशास्त्रस्य ग्रहणम् एतत् न अवगतं महोदय. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् इति पूर्वं पठितम्। अत्र अहं चिन्तयामि नित्यसूत्रस्य अपेक्षया अन्तरङ्गशास्त्रम् अन्तरङ्गसूत्रं बलीयम् इति शब्देन परशास्त्रस्य ग्रहणम् इति न अवगतम्।
सुन्दरमहोदय वदतु।
अपि शास्त्र अपि शब्दस्य अर्थः एतत् भवति, यदि तस्य अन्ते पूर्वपर इति सूत्रे एकयुगलम् अस्ति, तदनन्तरं नित्य अनित्य सूत्रे एकयुगलम् अस्ति, एवं अन्तरङ्ग बहिरङ्गम् इति सूत्रे एक युगलम् अस्ति। अपि शब्दस्य कथनेन एतत् युगलम् अस्ति किल, त्रीणि युगलानि अस्ति, पूर्वपर नित्य अनित्य एवं अन्तरङ्ग बहिरङ्ग। सो एतत् वि आर् कम्पेरिङ्ग् द टु पेर्स्। ओके, तत्र तदेव कथनेन अपि इति कथनेन नित्यशास्त्रादपि बहिरङ्गशास्त्रं सोरि अन्तरङ्गशास्त्रं बलीयः इति कथनेन नित्य अनित्य युगलस्य अपेक्षया अन्तरङ्गशास्त्रं बलीयः इति अस्माभिः गृहीतव्यं तदेव।
अहं किञ्चित् वदामि, मम अवगमनम् एवम् अस्ति, नित्यादप्यन्तरङ्गं बलीयः इत्यस्य अर्थः तत्र परशास्त्रस्य ग्रहणम् इति कथनेन बहिरङ्गसूत्रम् अन्तरङ्गसूत्रम् इति सूत्रद्वयमस्ति खलु। बहिरङ्गसूत्रं परसूत्रं चेदपि नित्यसूत्रं चेदपि अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रं सर्वदा असिद्धम् इति अर्थः अनेन वाक्येन ज्ञायते। इत्युक्ते बहिरङ्गसूत्रं परसूत्रं चेदपि, परसूत्रं वा भवतु बहिरङ्गसूत्रं नित्यसूत्रं वा भवतु, तादृशी स्थितिः अस्ति चेदपि सर्वदा बहिरङ्गसूत्रम् अन्तरङ्गसूत्रं प्रति असिद्धं भवति इति अस्य अर्थः। नित्यादप्यन्तरङ्गं बलीयः इत्यत्र अपि शब्देन परशास्त्रस्य ग्रहणम् इति कथनेन बहिरङ्गसूत्रं परसूत्रं भवतु, नित्यसूत्रं भवतु, किमपि भवतु, अन्तरङ्गसूत्रं प्रति सर्वदा असिद्धं भवति इति मम अवगमनमस्ति। अग्रे सरेम, अत्र उदाहरणं दत्तमस्ति, अन्तरङ्गसूत्रं बहिरङ्गसूत्रं। सुन्दरमहोदय, अस्मिन् परिच्छेदे एव अतः इत्यस्मात् आरभ्य पठतु।
अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्। बलवत् इति असिद्धम् इति कथनम् उचितम्। अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः एवं भवति, द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति। अत्र नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्। अतः
तावत्पर्यन्तं वयं पठितवन्तः, अतः किमपि बानामकं सूत्रं तस्मात् आरभ्य पठतु।
अतः किमपि बनामकसूत्रम् अनामक सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धम्। यद्यपि असूत्रं प्रति बसूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्। अत्र सूत्रद्वयं ग्रहणं भवति, सूत्रद्वयस्य ग्रहणं भवति, एक अनामकं सूत्रम् एकं बनामकं सूत्रम्। अत्र यद्यपि अनामकं सूत्रं प्रति बहिरङ्गं चेत् नामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अनामकम् अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धं भवति। प्रथमं ब नामकसूत्रं बहिरङ्गसूत्रम् अस्ति चेत् सः अन्तरङ्गसूत्रस्य अपेक्षया सः असिद्धं भवति। अपि च परसूत्रम् अस्ति चेदपि नामकसूत्रं परसूत्रम् अस्ति चेदपि नित्यसूत्रम् अस्ति चेदपि तदेव स्थितिः भवति इत्युक्ते बनामकसूत्रम् अनामकसूत्रं प्रति असिद्धं भवति त्रीणि स्थितौ असिद्धं भवति. प्रथमं बहिरङ्ग अन्तरङ्गसूत्रं प्रति असिद्धं भवति. द्वितीयं
महोदय भवान् कृपया शृणोतु. नीलं भगिनी अत्र महोदय पठितवान्, भवती विवृणोतु अस्माकम् अवगमनार्थम् आनामकं सूत्रं बानामकसूत्रम् इति दत्तमस्ति उदाहरणार्थं. नीलं भगिनी भवती विवृणोतु किं वक्तव्यम्.
अत्र भनामकसूत्रम् अपि च अनामकसूत्रम् इति विषयः दत्तं. तत्र यदि भनामकसूत्रम् अनामकसूत्रस्य प्रति बहिरङ्गं चेत्, इत्युक्ते अनामकसूत्रम् आटोमेटिक्लि अन्तरङ्गं भवति, तथा एव भनामकसूत्रं बहिरङ्गम् इति वयं वदामः. सो तत्र किं भवति, भनामकसूत्रं यः अस्ति सः बहिरङ्गम् अस्ति चेत् बहिरङ्गस्य असिद्धत्वात् किं भवति, तत्र अनामकसूत्रेण एव कार्यं. सो न यद्यपि अनामकसूत्रं यः अन्तरङ्गम् अस्ति, यद्यपि सः पूर्वसूत्रं परसूत्रम् अस्ति, पूर्वविषयः तु अत्र नास्ति, तत्र परविषयः परसूत्रम् अस्ति वा नित्यसूत्रम् अस्ति वा, तथापि सः तत् सूत्रं बलवत् भवति अन्तरङ्गसूत्रम्. इत्युक्ते तत्र यः परसूत्रम् इति यः पदमस्ति, अत्र सपादसप्ताध्याय्यां वयं दृष्टवन्तः, तत्र विप्रतिषेधे परं सूत्रस्य इति प्रसक्तिः सम्पूर्णसपादसप्ताध्याय्यां. सो तत्र सामान्यतया वयं किं तत्र अवगम्यते, यदा परसूत्रम् अस्ति सः बलवद् भवति, परन्तु वयं दृष्टवन्तः तत्र परसूत्रं सर्वदा बलवत् नास्ति. यत्र नित्यप्रसङ्गः तत्र यद्यपि नित्य पूर्वसूत्रम् अस्ति तथापि सः बलवद् भवति, तथैव अत्र अस्ति. यद्यपि अन्तरङ्गसूत्रं पूर्वसूत्रम् अस्ति तथापि सः बलवद् भवति, यद्यपि बहिरङ्गसूत्रं नित्यसूत्रम् अस्ति वा परसूत्रम् अस्ति वा, तथापि सः असिद्धम् एव भवति इति तत्र अपिशब्देन, इत्युक्ते यः नित्यादपि अन्तरङ्गं बलीयः इति यः परिभाषा अस्ति, तत्र न केवलं नित्याद् अन्तरङ्गं बलीयः, परन्तु परशास्त्रस्य अपेक्षया अपि अन्तरङ्गं बलीयः इति तस्य अर्थः.
बहु सम्यक्. परशास्त्रं नित्यशास्त्रं चेदपि बहिरङ्गसूत्रं सर्वदा सिद्धं. बहिरङ्गसूत्रं परसूत्रं चेदपि नित्यसूत्रं चेदपि अन्तरङ्गं प्रति सर्वदा असिद्धं भवति. अस्य प्रकटीकरणार्थमेव अग्रिमा परिभाषा अस्ति. पूर्वपरिभाषा का? पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति प्रथमा परिभाषा. अग्रिमा परिभाषा असिद्धं बहिरङ्गम् अन्तरङ्गे, अन्तरङ्गे बहिरङ्गम् असिद्धम्. अन्तरङ्गप्रसङ्गः अस्ति यदा तत्र बहिरङ्गसूत्रं सर्वदा असिद्धं भवति. तद् बहिरङ्गसूत्रं परसूत्रं चेदपि, सूत्रसङ्ख्यादृष्ट्या बहिरङ्गसूत्रं परसूत्रं चेदपि, नित्यसूत्रं चेदपि, अन्तरङ्गं प्रति बहिरङ्गं सर्वदा असिद्धम् इति द्वितीया परिभाषा वदति. नरेश् महोदय भवान् वदतु, भवान् किम् अवगतवान्?
अत्र दत्तम् अस्ति अन्तरङ्गविषये. अन्तरङ्गविषये वयं जानीमः, पूर्वं वयं जानीमः पूर्व अपेक्षया परं भवति, तत् बलीय अस्ति. अग्रे वयं जानीमः परम् अपेक्षया नित्यं बलीयः अस्ति. अत्र यदि अन्तरङ्गम् अस्ति, अन्तरङ्गम् अपेक्षया बहिरङ्गम् असिद्धं भवति, तत् अपि च परमस्ति चेत् नित्यम् अस्ति चेत् सर्वे अपेक्षया अन्तरङ्गं बलीयः भवति. अतः यत् अत्र दत्तमस्ति द्वे सूत्रे आसूत्रम् अन्तरङ्गं बसूत्रं बहिरङ्गं तस्य विषये दत्तमस्ति अन्तरङ्ग अपेक्षया बहिरङ्गम् असिद्धं भवति. अतः तस्य बलं परमपेक्षया नित्यमपेक्षया बहिरङ्गम् अपेक्षया बहु अस्ति अन्तरङ्गस्य.
तदेव अत्र दत्तमस्ति. इत्युक्ते बहिरङ्गसूत्रं परसूत्रं चेदपि नित्यसूत्रं चेदपि अन्तरङ्गसूत्रं प्रति असिद्धं भवति इति सारांशः. एषा परिभाषा अपि स्मर्तव्या. असिद्धं बहिरङ्गम् अन्तरङ्गे इति द्वितीया परिभाषा अस्ति. अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रस्य असिद्धत्वमस्ति. बहिरङ्गसूत्रस्य प्राप्तिः न भवति, अन्तरङ्गसूत्रस्य कार्यमेव भवति. बहिरङ्गसूत्रस्य बलं न्यूनमस्ति, अन्तरङ्गसूत्रस्य बलम् अधिकमस्ति इति परिभाषया ज्ञायते. अत्र असिद्धम् असिद्धम् इति वदामः. असिद्धत्वम् इत्युक्ते किम्? असिद्धम् इत्युक्ते अविद्यमानत्वं, तस्य अस्तित्वमेव नास्ति. अमान्यत्वम् अमान्यता इत्युक्ते अन्तरङ्गसूत्रं प्रति बहिरङ्गसूत्रस्य अविद्यमानता अस्ति, अथवा अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रस्य अस्तित्वमेव नास्ति, बहिरङ्गसूत्रस्य कार्यं न भवति. बहिरङ्गसूत्रम् अविद्यमानं, बहिरङ्गसूत्रस्य अविद्यमानता अस्ति, तस्य मान्यता नास्ति. अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रस्य अस्तित्वं नास्ति, ऐडेण्टिटि नास्ति. अन्तरङ्गसूत्रस्य बलम् अधिकम् अस्ति, बहिरङ्गसूत्रस्य कार्यं न भवति. अन्तरङ्गसूत्रस्य कार्यमेव कुर्यात् इति अनया परिभाषया ज्ञायते. असिद्धम् इत्युक्ते अविद्यमानत्वम् इत्युक्ते तस्य अस्तित्वमेव नास्ति. बलवत् इत्यस्य अपेक्षया असिद्धम् इति कथनम् उचितमस्ति. नरेश महोदय, भवान् पठतु अग्रे.
ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद अन्तरङ्गम्. एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गं बहिरङ्गम्. अन्तरङ्गशब्दे भागद्वयम्, अन्तर योग अङ्गम्. अन्तर इत्युक्ते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. अत्र अस्ति अन्तरङ्गबहिरङ्ग तत्र लक्षणं किमस्ति. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम्. निमित्तानि विषये अस्ति. यदा बहिरङ्ग अस्ति तत्र निमित्तसमुदाय बहूनि सन्ति. अन्तर्मध्ये तत्र अन्तर्मध्ये यदि किमपि सूत्रस्य निमित्तानि सन्ति तत् अन्तर्मध्ये अस्ति चेत् तत् अन्तरङ्गं भवति.
महोदय अत्र स्थूलाक्षरैः लिखितानि वाक्यानि सन्ति. प्रथमतया अन्तरङ्गसूत्रस्य लक्षणम् उक्तमस्ति, पश्चात् बहिरङ्गसूत्रस्य लक्षणम् उक्तमस्ति. आदौ अन्तरङ्गसूत्रस्य लक्षणं ज्ञातव्यम्. स्थूलाक्षरैः यद्दत्तमस्ति तस्मिन् प्रसङ्गे अन्तरङ्गसूत्रस्य लक्षणम् उक्तमस्ति. लक्षणं किं वदतु?
अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि यस्य तदन्तरङ्गम्. अत्र दत्तमस्ति अन्तर्मध्ये बहुरङ्गानि शास्त्रीयसमुदाये. बहिरङ्गशास्त्रीय तस्य किमपि निमित्तानि सन्ति, तत् एकः समुदाय भवति. अन्तर्भूताः अस्ति तस्य किमपि निमित्तानि सन्ति. अन्तर्भूत तस्य निमित्तानि बहिरङ्ग सूत्रस्य मध्ये आगच्छति, अतः बहिरङ्ग सूत्रस्य निमित्तानि बहूनि सन्ति. अतः अन्तरङ्ग तस्य निमित्तानि तस्य मध्ये आगच्छति.
बहु सम्यक्, तदेव वक्तव्यम्. साधु महोदय, भवान् अवगतवान्. स्थूलाक्षरैः अत्र अन्तरङ्गसूत्रस्य लक्षणम् उक्तमस्ति. अन्तरङ्गसूत्रस्य लक्षणं किं भवान् वदतु? नरसिंह हेग्डे महोदय.
अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्.
तावद् वदतु महोदय, प्रथमं वाक्यं वदतु.
इत्युक्ते अन्तरङ्गशास्त्रस्य निमित्तसमुदायं बहिरङ्गशास्त्रस्य निमित्तसमुदायस्य मध्ये वर्तते, अन्तर्भूतं वर्तते इति अर्थः भवति. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्. अन्तरङ्गशास्त्रस्य निमित्तसमुदाय बहिरङ्गशास्त्रस्य निमित्तसमुदायस्य मध्ये वर्तते. इत्युक्ते बहिरङ्गशास्त्रस्य निमित्त समुदाय बृहत् अस्ति, अन्तरङ्गशब्दस्य निमित्तसमुदाय किञ्चित् न्यूनमस्ति,
अल्पनिमित्तिकत्वमस्ति.
अल्पनिमित्तिकत्वम् अस्ति इति भवति.
बहिरङ्गशास्त्रस्य बहु निमित्तिकत्वम् अस्ति, अन्तरङ्गशास्त्रस्य अल्पनिमित्तिकत्वम् अस्ति. शुभदा भगिनी, भवती वदतु, भवती किम् अवगतवती अस्य वाक्यस्य पठनेन?
प्रयत्नं करोमि भगिनि. मम अवगमने बहिरङ्गशास्त्रीयनिमित्तसमुदायः इति एकः बहिर्भूतः एकः वर्तुलः अस्ति. तस्मिन् मध्ये वर्तुले एव अन्यत् एकं वर्तुलं वर्तते, लघुवर्तुलमस्ति. तत् लघुवर्तुलं बहिर्भूतस्य वर्तुलस्य एकः भागः एव अस्ति. तादृशम् एव बहिरङ्गशास्त्रीयनिमित्तसमुदायः यः अस्ति तद् बृहत् अस्ति, तस्य वर्तुलः बृहत् अस्ति, तस्मिन् बहूनि निमित्तानि सन्ति. तस्मिन् अन्तर्भूतः एकः अन्यत् एकं वर्तुलमस्ति यत् अन्तरङ्गम् इति उच्यते. तस्मिन् कानिचन न्यूनानि एव निमित्तानि सन्ति. तत्तु एकः भागः बहिर्भूत वर्तुलस्य एव भागः, परन्तु तस्मिन् अन्तर्भूताः निमित्तानि अन्तर्भूतानि निमित्तानि तु न्यूनानि एव. अतः बहिरङ्गशास्त्रीयनिमित्तसमुदायः मध्ये ये निमित्तानि अन्तर्भूतानि सन्ति अपि च ये न्यूनानि सन्ति, तानि निमित्तानि यस्य प्रसङ्गस्य वा कार्यस्य वा यस्य सूत्रस्य तत् सूत्रम् अन्तरङ्गं सूत्रम् इति वक्तुं शक्यते. मम किं वदामः, किं मम दृष्ट्या इति एतत् एकं मानचित्रमस्ति, एकं वर्तुलं बहिर् कान्सेण्ट्रिक् सर्कल्स्, टु कान्सेण्ट्रिक् सर्कल्स् मनसि अस्ति दृष्ट्य वन् बिगर् सर्कल् एण्ड् अनदर् स्मालर् सर्कल् अन्तरङ्गनिमित्तानि तत् लघु वर्तुले सन्ति, स अपि च बहिरङ्गभूत यः वर्तुलमस्ति, बहिर्भूतः यः वर्तुलमस्ति तस्मिन् बहूनि निमित्तानि सन्ति, तदेव अहम् अवगच्छामि.
बहु सम्यक्. वाक्यानि एकवारं पश्यन्तु. बहिरङ्गशास्त्रस्य निमित्तसमुदायमध्ये अन्तर्भूतः भागः एव अन्तरङ्गशास्त्रस्य निमित्तम्. भिन्नरीत्या, अन्तरङ्गशास्त्रस्य निमित्तसमुदायात् बहिः, शास्त्रम् इत्युक्ते सूत्रमेव, अन्तरङ्गसूत्रनिमित्तसमुदाय बहिर्भूतः भागः एव बहिरङ्गशास्त्रस्य निमित्तं, तदपि अस्मिन् परिच्छेदे लिखितमस्ति. इत्युक्ते बहिरङ्गशास्त्रनिमित्तसमुदायमध्ये अन्तरङ्गशास्त्रस्य निमित्तानि भवन्ति. अत्र निमित्तसमुदायः कः इति ज्ञातव्यम्. उदाहरणार्थम् अस्माकं परिचितं सूत्रमस्ति पुगन्तलघूपधस्य च इति सूत्रं, तत्र निमित्तसमुदायः कः इति प्रश्ने सति अङ्गसंज्ञा स्यात्, लघुसंज्ञा आवश्यकी अस्ति, उपधासंज्ञा आवश्यकी, अङ्गस्य इत्यस्मिन् अधिकारे एव तत् सूत्रं कार्यं करोति, तत्र अङ्गसंज्ञा अपि आवश्यकमस्ति, धातुः एव अङ्गं भवति, लघुपदम् अङ्गम् आवश्यकमस्ति, अपि च धातोः परं सार्वधातुकप्रत्ययः आवश्यकः, तिप्रत्ययः सार्वधातुकप्रत्ययः, तादृशसार्वधातुकप्रत्ययः आवश्यकः. इत्युक्ते पुगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थं बहूनि निमित्तानि आवश्यकानि भवन्ति. तत्सर्वं मिलित्वा किं वदामः, निमित्तसमुदायः इति वदामः. अग्रे उदाहरणं दत्तमस्ति निमित्तसमुदायः नाम किम् इति अवगन्तुं. पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवितुं तत्र बहूनि निमित्तानि, बहूनि संज्ञाकृतनिमित्तानि आवश्यकानि भवन्ति, अङ्गसंज्ञा, लघुसंज्ञा, उपधासंज्ञा, अपि च सार्वधातुकप्रत्ययः धातोः परं स्यात्, एतानि निमित्तानि आवश्यकानि भवन्ति. एतत् सर्वं मिलित्वा किं वदामः, निमित्तसमुदायः. इत्युक्ते एकस्य सूत्रस्य निमित्तसमुदायमध्ये अन्यस्य सूत्रस्य निमित्तानि भवन्ति चेत् तत् द्वितीयं सूत्रमस्ति खलु, तत् सूत्रम् अन्तरङ्गम् इति वदामः. अथवा यस्य सूत्रस्य निमित्तानि बहिरङ्गसूत्रस्य निमित्तसमुदायमध्ये सन्ति तादृशं सूत्रम् अन्तरङ्गसूत्रम्. अन्तरङ्गसूत्रस्य निमित्तानि बहिरङ्गसूत्रस्य समुदायमध्ये भवन्ति. भिन्नरीत्या, बहिरङ्गसूत्रस्य कृते यानि यानि निमित्तानि आवश्यकानि भवन्ति तेषु निमित्तेषु कानिचन निमित्तानि, केवलं फ्यू एव निमित्तानि अन्तरङ्गसूत्रस्य कृते अपि तत्र उपस्थितानि भवन्ति. बहिरङ्गसूत्रस्य कृते यानि निमित्तानि, बहूनि निमित्तानि आवश्यकानि भवन्ति तेषु निमित्तेषु कानिचन निमित्तानि अन्तरङ्गसूत्रस्य कृते अपि सन्ति. अस्मिन्नेव परिच्छेदे बहिरङ्गसूत्रस्य लक्षणमपि उक्तमस्ति. शुभदा भगिनि, बहिरङ्गसूत्रस्य लक्षणं वदतु, परिच्छेदं पठित्वा वदतु.
एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्. तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं
बहिरङ्गसूत्रस्य लक्षणम् उक्तमस्ति अस्मिन् वाक्ये.
बहिरङ्गसूत्रस्य लक्षणम् अत्र दत्तमस्ति. तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्. अधुना वयं अन्तरङ्गं किम् इति वयं दृष्टवन्तः. अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गं. तस्मात् बहिः अन्तरङ्गं यः अस्ति, तस्मात् बहिः यः निमित्तसमुदायः अस्ति, सः समुदायः बहिर्भूताङ्गकम् इति उच्यते, अपि च तत्तु बहिरङ्गम् इति वक्तुं शक्यते. प्रथमं तु अन्तरङ्गं किम् इति वयं ज्ञातुं प्रयतते, तदनन्तरम् एव अन्तरङ्गात् बहिः यः निमित्तसमुदायः अस्ति तस्मिन् तु अन्तरङ्गे ये सूत्राणि निमित्तानि तानि सूत्राणि तस् बहिरङ्गे न सन्ति, परन्तु अन्तरङ्गात् बहिः परन्तु बहिरङ्गस्य परिधि मध्ये यानि सूत्राणि सन्ति
अन्तरङ्गसूत्रस्य निमित्तसमुदायात् बहिः किं भवति अन्तरङ्गसूत्रनिमित्तसमुदायात् बहिः बहिरङ्गसूत्रनिमित्तानि सन्ति खलु
सत्यं
वदतु
तदेव अन्तरङ्गे यानि सूत्राणि सन्ति तस्मात् बहिः यानि सूत्राणि सन्ति तानि सर्वाणि सूत्राणि तु तानि सर्वाणि निमित्तानि बहिरङ्गभूताङ्गकं बहिः सन्ति अन्तरङ्गात् बहिः सन्ति अतः बहिर्भूताङ्गकम् इति उच्यते अपि च तानि सर्वाणि निमित्तानि बहिर्भूताङ्गकम् अस्ति इति कृत्वा तेषां कृते बहिरङ्गम् इति एकं संज्ञा वक्तुं शक्यते बहिरङ्गम् अस्ति इति तत् सूत्रम् अथवा तानि सर्वाणि निमित्तानि बहिरङ्गभूतानि सन्तानि बहिर्भूताङ्गकं सन्ति इति वक्तुं शक्यते
बहिर्भूताङ्गकं बहिरङ्गं द्वयोर्मध्ये विशेषणविशेष्य भावः अस्ति बहिर्भूताङ्गकं किं बहिरङ्गं बहिरङ्गं किं बहिरङ्गं सूत्रं बहिरङ्गसूत्रमस्ति बहिरङ्गसूत्रस्य लक्षणम् उक्तमस्ति एवमेव तदीयनिमित्तसमुदायात् बहिः तदीयनिमित्तसमुदायात् बहिः इत्युक्ते अन्तरङ्गसूत्रनिमित्तसमुदायात् बहिः बहिरङ्गसूत्रस्य निमित्तानि भवन्ति केवलं विपरीतदिशि उक्तमस्ति खलु नरेश महोदय भवान् किम् अवगतवान् वदतु
अत्र अस्ति बहिरङ्ग तत्र निमित्तानि बहूनि सन्ति परन्तु अन्तरङ्गे यानि निमित्तानि सन्ति तानि बहुरङ्ग मध्ये अपि सन्ति बहुरङ्गे तु बहु निमित्तानि सन्ति परन्तु अन्तरङ्गे यानि निमित्तानि सन्ति तत् बहिरङ्गमध्ये सन्ति तत् अहम् अवगतम्
साधु बहिरङ्गसूत्रस्य निमित्तसमुदायमध्ये अन्तरङ्गसूत्रस्य निमित्तानि भवन्ति भिन्नरीत्या अन्तरङ्गसूत्रस्य निमित्तसमुदायात् बहिः बहिरङ्गसूत्रस्य निमित्तानि भवन्ति शुभदा भगिनी अग्रे पठित्वा वदतु
अन्तरङ्गशब्दे भागद्वयम् अन्तर् अङ्गम् अन्तर् इत्युक्ते मध्ये कस्य मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम् अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् तदेव अत्र किञ्चित् अपरं रीत्या अत्र लिखितमस्ति अन्तरङ्गम् इत्युक्ते अन्तर् अङ्गम् अत्र भागद्वयमस्ति अन्तरङ्ग इति शब्दे अन्तर् अङ्गम् अन्तर् इत्युक्ते मध्ये अधुना कस्य मध्ये इत्यस्य चिन्तनं कुर्मः चेत् बहिरङ्गशास्त्रीय निमित्तसमुदायस्य मध्ये यः बहिर्भूतः वर्तुलम् अस्ति तस्मिन् यानि कानि निमित्तानि एकः समुदायः एव अस्ति बहूनि निमित्तानि भवितुम् अर्हन्ति तानि सर्वाणि सर्वेषां निमित्तानां समुदायः अस्ति एकः समुदायः अस्ति तत्तु बहिरङ्गशास्त्रीयनिमित्तसमुदायः इति वक्तुं शक्यते तस्मिन् तस्य समुदायस्य मध्ये एकः भागः अस्ति तस्मिन् अन्तर्भूतः एव एकः भागः अस्ति तत्तु अन्तरङ्गशास्त्रस्य निमित्तमस्ति यदा अहम् उक्तवती तस्मिन् एकः लघुवर्तुलम् इति वयं कल्पयामः चेत् तस्मिन् कानिचन न्यूनानि सूत्राणि सन्ति, तानि सूत्राणि अपि बहिरङ्ग बहिरङ्गशास्त्रस्य भागः एव, परन्तु अधुना तानि सर्वाणि सूत्राणि
अत्र प्रसङ्गः तु अङ्गम् इति प्रसङ्गे खलु. अङ्गम् इत्युक्ते निमित्तं, निमित्तम् इति मनसि निधाय अन्तरङ्गसूत्रं बहिरङ्गसूत्रम् इति कथनेन, तत्र अङ्गम् इति कथनेन निमित्तम् इति विषयं मनसि निधाय वक्तव्यं. वदतु.
अङ्गम् इत्युक्ते निमित्तम् इति वयं स्वीकुर्मः चेत्, तस्य अन्तर्भूतस्य भागस्य यानि कानि निमित्तानि, तानि सर्वाणि निमित्तानि बहिर्भूतस्य अङ्गस्य एव भागः, बहिर्भूतस्य बहिर्भूत ये यानि निमित्तानि सन्ति तस्य एव भागः. अतः अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्ता निमित्तसमुदायात् अधुना स एव भागः. किञ्चित् विपरीतरीत्या वयं वदामः चेत्, अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिः यः भागः अस्ति तत्तु बहिरङ्गशास्त्र, अन्तरङ्गे अन्तर्भूतः यः भागः अस्ति तत्तु अन्तरङ्गशास्त्र शास्त्रम् अथवा अन्तरङ्गनिमित्तानि इति वक्तुं शक्यते. तदेव
बहु सम्यक्. अन्तरङ्गशास्त्रम् इत्युक्ते अन्तरङ्गसूत्रं, बहिरङ्गशास्त्रम् इत्युक्ते बहिरङ्गसूत्रं. बहिरङ्गसूत्रस्य कृते बहूनि निमित्तानि भवन्ति, अन्तरङ्गशास्त्रस्य कृते न्यूनानि निमित्तानि भवन्ति. इत्युक्ते अन्तरङ्गशास्त्रस्य कृते अल्पनिमित्तिकत्वम् अस्ति, बहिरङ्गशास्त्रस्य कृते बृहत् निमित्तिकत्वम् अस्ति. सत्यभामा भगिनी, अग्रिमे परिच्छेदे अपि बहिरङ्गशास्त्रस्य प्रसङ्गे इतोपि लिखितमस्ति, पठित्वा वदतु.
इत्थञ्च अन्तर्भूतनिमित्तिकत्वमन्तरङ्गत्वम्, अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वम्, बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तद् अन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गम्. एतत् इदानीम् उक्तं खलु, अत्र बहिरङ्गशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रस्य निमित्तं न्यूनानि वर्तते, अतः तत् तस्मिन् अन्तर्भूतमस्ति. इत्युक्ते बहिरङ्गशास्त्रस्य निमित्तानि यानि वर्तते तस्य अपेक्षया अन्तरङ्गशास्त्रस्य निमित्तानि न्यूनानि वर्तते, अपि च तत् तस्मिन् अन्तर्भूतमस्ति, अतः तदेव अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वम् इति उक्तमस्ति.
अत्र निष्कर्षः कः, सारांशः कः?
अन्तर्भूतनिमित्तिकत्वम् अस्य इदं पदमस्ति खलु, अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वम्, अन्तर्भूतनिमित्तिकत्वं नाम अन्तरङ्गत्वं, तदेव अत्र उक्तमस्ति. अस्य कथम्
अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वं वदतु.
इत्युक्ते अन्तर्भूतनिमित्तिकत्वं नाम किम् इति चेत् तद् अन्तरङ्गत्वमेव. इत्युक्ते अत्र अङ्गत्वं नाम निमित्तमेव. तर्हि अन्तर्भूतं यानि निमित्तानि मध्ये आगच्छति, इत्युक्ते सूत्रं पूर्वमेव उक्तमस्ति, बासूत्रम् आसूत्रम् एतत् सर्वं, तत्र निमित्तापेक्षया यत् यस्य निमित्तम् मध्ये आगच्छति तदेव अत्र अन्तर्भूतनिमित्तिकम् इत्यनेन विवक्षितः अस्ति. तादृशनिमित्तिकं यस्य वर्तते सः अस्ति अन्तरङ्गः इति, तस्य एव अन्तरङ्ग इति संज्ञा भवति.
अन्तरङ्गसूत्रम् इति वदामः. अन्तरङ्गसूत्रस्य निमित्तानि बहिरङ्गसूत्रस्य निमित्तसमुदायमध्ये सन्ति, अथवा बहिरङ्गसूत्रस्य बहूनि निमित्तानि भवन्ति चेत् तस्य निमित्तसमुदायस्य मध्ये, बहिरङ्गशास्त्रस्य निमित्तसमुदायमध्ये अन्तरङ्गसूत्रस्य कृते निमित्तानि भवन्ति. इत्युक्ते बहिरङ्गशास्त्रस्य निमित्तसमुदायः अस्ति, तेषु सर्वेषु निमित्तेषु कानिचन निमित्तानि अन्तरङ्गशास्त्रस्य कृते अपि भवन्ति. भिन्नरीत्या, बहिरङ्गशास्त्रस्य बहूनि निमित्तानि भवन्ति, अन्तरङ्गशास्त्रस्य कृते स्वल्पानि निमित्तानि भवन्ति. बहिरङ्गशास्त्रस्य बहुनिमित्तिकत्वं भवति, अन्तरङ्गशास्त्रस्य अल्पनिमित्तिकत्वम् अस्ति. बहिरङ्गशास्त्रस्य कृते यः निमित्तसमुदायः अस्ति अथवा यानि यानि निमित्तानि भिन्नभिन्ननिमित्तानि आवश्यकानि भवन्ति तेषु निमित्तेषु कानिचन निमित्तानि कानिचन निमित्तानि अन्तरङ्गसूत्रस्य कृते अपि उपस्थितानि प्रसक्तानि इति वक्तुं शक्नुमः. अस्य अवगमनार्थम् उदाहरणं द्रष्टव्यं खलु. अत्र केवलं प्रकारद्वयमेव उक्तमस्ति. अन्तरङ्गं बहुविधम् अस्ति किन्तु अत्र प्रकारद्वयं प्रदर्श्यते. भगिनी इत्थं च इति लिखितमस्ति, तस्य अर्थः कः?
एवं च इति इत्थं वदामः.
एवं रीत्या अनेन प्रकारेण.
अपि च अत्र यद्यपि एतत् सर्वम् उक्तं तदापि अत्र अन्धर्बोधनिमित्तकस्य एव एतत् अस्ति खलु अपवादं किमस्ति अत्र परसूत्रं वा नित्यसूत्रं वा यद् बहिरङ्गसूत्रम् अस्ति चेदपि तत् सर्वम् असिद्धमेव एतदेव कार्यं करोति, अन्तरङ्गसूत्रमेव अत्र कार्यं करोति इति.
उत्तमम्. बहिरङ्गसूत्रं परसूत्रं चेदपि नित्यसूत्रं चेदपि किमपि भवति चेदपि अन्तरङ्गसूत्रमेव बलवत् भवति. अन्तरङ्गसूत्रस्य कार्यमेव प्रथमं करणीयम्. अग्रे पठित्वा वदतु. पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम्.
पूर्व उपस्थितनिमित्तिकं निमित्तकम् अन्तरङ्गं पूर्वोपस्थितनिमित्तकस्य अपि अन्तरङ्गत्वात् पूर्व उपस्थितनिमित्तकस्यापि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तस्यापि अन्तरङ्गत्वं यस्य सूत्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तस्यापि अन्तरङ्गत्वम् इत्युक्ते पूर्वसूत्रं चेदपि तद् अन्तरङ्गत्वं सूत्रं पूर्वम् अस्ति चेदपि तस्यापि अन्तरङ्गत्वं स्वीकर्तुं शक्यते इति अर्थः वा पूर्वमेव उपस्थितम् इत्यस्य?
अग्रे पठनीयम्. अस्य अवगमनार्थं बोधनार्थं दृष्टान्तः दीयते. दृष्टान्तं पठतु.
अस्य बोधनार्थं दृष्टान्तः दीयते. सीव् इति धातुः न प्रत्ययः. स्योन इति शब्दः न इति उणादिप्रत्ययः. 3.9 इति दत्तमस्ति. सर्वे उणादिप्रत्ययः कृत् प्रत्ययः. सीव् योगः न इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति. लोभो व्योर्वलिः इति एकसूत्रं. छुओः शूडनुनासिके च इति सूत्रं. पुगन्धलघुपदस्य च. त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. तर्हि अत्र उदाहरणत्वेन एकः धातुः दत्तमस्ति. सीव् इति धातुः हलन्तधातुः अस्ति. अन्तिमवर्णः वकारः अस्ति. तर्हि प्रत्ययः सीवाम् इति अस्ति इति चिन्तयामि. अत्र अन्तिम अकारस्य इत्संज्ञा जाता इति चिन्तयामि. न इति प्रत्ययः उणादिप्रत्ययः कृत् प्रत्ययः. तदपि अत्र दत्तमस्ति. सीव् योगः न इति अवस्थायां
सिव् अस्ति.
सिव्
उणादिप्रत्ययः इति लिखितमस्ति. उणादिप्रत्ययानां प्रसङ्गे भवती यद् जानाति तद् वदतु.
न जानामि भगिनि. उणादिप्रत्ययः कृत् प्रत्ययः इति अत्र दत्तमस्ति तदेव.
कोऽपि वदतु. शुभदा भगिनी भवती वक्तुमिच्छति वा उणादिप्रत्ययानां प्रसङ्गे कोऽपि वदतु?
न जानामि भगिनि, क्षम्यताम्.
सिव् इति धातुः अस्ति. न इति प्रत्ययः अस्ति. स्योन इति प्रातिपदिकं निर्मीयते. स्योनः इत्युक्ते सूर्यः अथवा किरणः. न इति उणादिप्रत्ययः अस्ति. अत्र सिव् योगः न इत्यस्यां दशायां त्रयाणां सूत्राणां प्रसक्तिः अस्ति इति उक्तमस्ति. लोपो व्योर्वलि, छ्वोः शूडनुनासिके च, पुगन्तलघूपधस्य च. एतेषां त्रयाणां सूत्राणां प्रसक्तिः अत्र अस्ति. किमर्थमस्ति? तेषां कृते निमित्तानि पूरितानि सन्ति. अतः एतेषां त्रयाणां सूत्राणां प्रसक्तिः अत्र अस्ति. उणादिप्रत्ययः इत्यस्मिन् प्रसङ्गे अहं यद् ज्ञातवती तद् वक्तुमिच्छामि. यद्यपि अत्र त्रीणि सूत्राणि प्रसक्तानि किन्तु कस्य सूत्रस्य प्राप्तिः भवति, किमर्थं भवति इति चिन्तनीयम्. एतेषां त्रयाणां सूत्राणां विषये निमित्तानि कानि एतेषां सूत्राणां कार्यं भवितुं कीदृशनिमित्तसमुदायः अपेक्षितः? प्रत्येकं सूत्रं स्वीकृत्य तत् सूत्रम् अत्र कार्यं कर्तुं तस्य कृते निमित्तानि पूरितानि सन्ति वा इति द्रष्टव्यम्। प्रत्येकं सूत्रं स्वीकृत्य प्रत्येकस्मिन् सूत्रे कीदृशानि निमित्तानि उक्तानि, प्रत्येकस्मिन् सूत्रे कति निमित्तानि उक्तानि कार्यार्थं, प्रत्येकस्य सूत्रस्य कार्यार्थं कति निमित्तानि अपेक्षितानि भवन्ति इत्यस्य आधारेण किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गम् इति अवगन्तुं शक्नुमः। एतेषु त्रिषु सूत्रेषु किं सूत्रम् अन्तरङ्गसूत्रं, किं सूत्रं बहिरङ्गसूत्रम् इति निर्णेतव्यं। तस्य अवगमनार्थं प्रत्येकं सूत्रं स्वीकृत्य सूत्रस्य अर्थम् अवगत्य तस्य सूत्रस्य कृते कति निमित्तानि अपेक्षितानि, तत्र निमित्तसमुदायः कः इति अपि द्रष्टव्यं। तदानीम् एव एतेषु त्रिषु सूत्रेषु किं सूत्रम् अन्तरङ्गसूत्रं भवति इति निर्णयं कर्तुं शक्नुमः। तदानीमेव अन्तरङ्गसूत्रस्य विधिः भवति। अपि च उणादिप्रत्ययानां प्रसङ्गे सुबन्तपदनिर्माणं कुर्मः खलु, तत्र प्रातिपदिकम् एव प्रकृतिः भवति। प्रातिपदिकं द्विविधम् अस्ति, व्युत्पन्नं प्रातिपदिकम्, अव्युत्पन्नं प्रातिपदिकम्। अव्युत्पन्नं प्रातिपदिकम् इत्युक्ते किम्? अव्युत्पन्नानि प्रातिपदिकानि मूले एव तत्र उपस्थितानि, मूले एव तानि सन्ति। केवलं वयं किं कुर्मः? सुप्रत्ययं योजयित्वा सुबन्तपदनिर्माणं कुर्मः। तादृशप्रातिपदिकानि उणादिप्रत्ययानां योजनेन साधयितुं शक्नुमः। व्युत्पन्नानि प्रातिपदिकानि इत्युक्ते धातुं स्वीकृत्य धातुतः कृत् प्रत्ययस्य योजनं कृत्वा कृदन्तप्रातिपदिकनिर्माणं कुर्मः। तदनन्तरं सुप्रत्ययं योजयामः, तदा सुबन्तपदनिर्माणं भवति। तादृशानि प्रातिपदिकानि इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन निर्मितानि व्युत्पन्नानि प्रातिपदिकानि उणादिप्रत्ययानां योजनेन प्रातिपदिकनिर्माणमेव भवति। उणादिप्रत्ययाः कृत् प्रत्ययाः, कृदतिङ् इति सूत्रेण एते प्रत्ययाः अतिङ् प्रत्ययाः, अतः उणादिप्रत्ययाः कृत् प्रत्ययाः भवन्ति। तेषां योजनेन प्रातिपदिकनिर्माणं भवति। अपि च उणादिप्रत्ययाः अष्टाध्यायीग्रन्थे न सन्ति, पृथक्तया उणादिप्रत्ययानां कृते उणादिपाठः नाम्ना एकः पाठः अस्ति। उणादिपाठे सर्वेषाम् उणादिप्रत्ययानां सङ्ग्रहणं कृतमस्ति। इत्युक्ते उणादिपाठे सर्वे उणादिप्रत्ययाः स्थापिताः सन्ति। अष्टाध्यायीग्रन्थे तु उणादिप्रत्ययानां प्रसङ्गे केवलम् एकमेव सूत्रम् उक्तमस्ति। तत् सूत्रं किम् इत्युक्ते उणादयो बहुलम्। अष्टाध्याय्याम् उणादयो बहुलम् इति एकमेव सूत्रं दत्तमस्ति। तेन सूत्रेण एव सर्वेषाम् उणादिप्रत्ययानां ग्रहणं भवति। किन्तु उणादिपाठः तु पृथक् अस्ति। उणादिप्रत्ययस्य योजनेन प्रातिपदिकनिर्माणं भवति। तदनन्तरं सुप्रत्ययं योजयामः, तेन सुबन्तपदनिर्माणं भवति। अपि च एते प्रत्ययाः धातुभ्यः विधीयमानाः प्रत्ययाः एव। अत्र पश्यन्तु, सिव् इति धातुः अस्ति। एते प्रत्ययाः धातुभ्यः विधीयमानाः प्रत्ययाः, किन्तु तिङ् प्रत्ययाः न सन्ति, अतः एते प्रत्ययाः कृत् प्रत्ययाः। कृदतिङ् सूत्रेण अतिङ् प्रत्ययाः इत्यतः कृत् प्रत्ययाः भवन्ति। अत्र सिव् इति धातुः अस्ति, सिव् धातोः परं न इति उणादिप्रत्ययः अस्ति। अपि च उणादिप्रत्ययाः तिङ्क्षित् नास्ति इत्यतः आर्धधातुकप्रत्ययाः। उणादिप्रत्ययाः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययाः कृदतिङ् सूत्रेण कृत् प्रत्ययाः भवन्ति इति विषयः। किन्तु अत्र सिव् योगः न इत्यस्यां दशायां लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिर्भवति। किमर्थं भवति? सत्यभामा भगिनी वदतु, सूत्रं पठित्वा वदतु।
लोपो व्योर्वलि इति सूत्रं वल् प्रत्याहारे प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपः भवति। वा च या च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोभः प्रथमान्तं व्योः षष्ट्यन्तं वलि इति सप्तम्यन्तं त्रिपदमिदं सूत्रं। सूत्रं स्वयं सम्पूर्णं। व्योः लोभः वलि इति सूत्रं। व्योः इति षष्ट्यन्तं पदं लोपः इति कार्यमस्ति, प्रथमान्तं वलि इति निमित्तमस्ति. इत्युक्ते धातोः परे यदि वल् प्रत्याहारस्थ वर्णः केचन वर्णः अस्ति चेत् पूर्वं विद्यमानस्य वकारस्य वकार यकारयोः लोभः, इत्युक्ते वकारान्तः अथवा यकारान्तधातुः अस्ति चेत् परे धातोः अनन्तरं वल् यकारः विहाय अन्ये वर्णः व्यञ्जनवर्णः अस्ति चेत् अस्य वकारस्य अथवा यकारः अस्ति चेत् अस्य लोपः भवति इति सूत्रेण उक्तमस्ति.
वल् प्रत्याहारे के के वर्णाः सन्ति?
यावार तत्र यकारः यद् वर्तते तद्विहाय हल् पर्यन्तं यानि व्यञ्जनवर्णानि वर्तते तत्सर्वम्.
उत्तमं, बहु सम्यक्. वल् इति प्रत्याहारे के के वर्णाः सन्ति? तत्र सूत्रमस्ति खलु, पञ्चमं सूत्रं, हयवरट्. हयवरट् इत्यत्र वकारः अस्ति. अन्तिमं सूत्रं हल् अस्ति. वलि यकारं विहाय सर्वाणि व्यञ्जनानि वल् प्रत्याहारे सन्ति. अस्य सूत्रस्य कार्यार्थं प्रत्ययः अपेक्षितः वा न वा?
प्रत्ययः कस्य सूत्रस्य? व्योर्वलि इत्यत्र वा?
लोपो व्योर्वलि सूत्रस्य कृते प्रत्ययस्य आवश्यकता अस्ति वा?
इदानीं न इति प्रत्ययः आगच्छति खलु, तदानीमेव वलि अत्र आगच्छति, अन्यथा कथम् अत्र परे निमित्तम् आगच्छति?
अनेन सूत्रेण अङ्गकार्यं भवति वा न वा कथं जानीमः?
अत्र अङ्गस्य इति अनुवृत्ति नास्ति अत्र सूत्रे, अतः अङ्गकार्यं न भवति अनेन.
अनेन सूत्रेण अङ्गकार्यं न भवति. इदं सूत्रम् अङ्गस्य इत्यस्मिन् अधिकारे नास्ति, अपि च प्रत्ययस्य आवश्यकता नास्ति इदं कार्यं भवितुम्. प्रत्ययस्य आवश्यकता नास्ति. यथा भवती उक्तवती, धातुः वकारान्तधातुः अथवा यकारान्तधातुः अस्ति चेत् तस्मात् परं वलि परे, वदतु सूत्रार्थं वदतु.
वकारान्तधातुः अथवा यकारान्तधातुः अस्ति चेत् तस्मात् परे वल् प्रत्याहारस्थवर्णः कश्चन अस्ति चेत् धातौ विद्यमानस्य वकारस्य अथवा यकारस्य लोभः भवति अनेन सूत्रेण.
उत्तमम्. अनेन सूत्रेण वर्णनिमित्तिकं कार्यं भवति, न तु अङ्गकार्यम् इति स्मर्तव्यः अंशः. अनेन सूत्रेण वर्णनिमित्तिकं कार्यं भवति, इत्युक्ते वकारलोपः अथवा यकारलोपः भवति वल् प्रत्याहारस्थवर्णः परः अस्ति चेत्. नकारः वल् प्रत्याहारे अस्ति वा?
अस्ति.
अस्ति. लोपोव्योर्वलि इति सूत्रस्य कार्यार्थम् अत्र निमित्तानि पूरितानि. इत्युक्ते अत्र नकारः वल् प्रत्याहारस्थवर्णः, अपि च सिव् इति धातौ अन्ते वकारः अस्ति. वकारात् परं यकारात् परं वल् प्रत्याहारस्थवर्णः नकारः अस्ति इति कारणतः लोपोव्योर्वलि इति सूत्रस्य कार्यं भवितुम् अत्र अवकाशः अस्ति. लोपः व्योः वलि, वलि इति सप्तम्यन्तं, व्योः लोपः वलि इति अर्थः. वल् प्रत्याहारस्थवर्णः परः अस्ति चेत् वकार यकारयोः लोपः. इदं सूत्रम् अङ्गाधिकारे नास्ति. अनेन सूत्रेण अङ्गकार्यं न भवति, केवलं वर्णनिमित्तिकं कार्यं भवति. अपि च अस्य सूत्रस्य कार्यम् अन्यत्रापि भवितुं शक्नोति. अस्य सूत्रस्य कार्यक्षेत्रम् अन्यत्र अस्ति वा इति परिशीलयामश्चेत् लोपोव्योर्वलि इति सूत्रस्य कार्यं भवितुम् अन्यत्र लब्धावकाशः अस्ति इति स्मर्तव्यम्. अग्रे छोः शूड् अनुनासिके च इति सूत्रं दत्तमस्ति. तत् सूत्रं किं वदति इत्यपि पठित्वा समापयाम. कोऽपि पठितुमिच्छति वा? नूतनतया ये ये आगतवन्तः ते पठितुमिच्छन्ति चेत् पठन्तु, नो चेत् सुन्दरमहोदय भवान् पठतु. छोः शूड् अनुनासिके च इति सूत्रं दत्तमस्ति.
छोः शूड् अनुनासिके च इति सूत्रं भवति. अत्र तुक् सहितछकारस्य, तुक् सहितछकारस्य स्थाने छकारादेशः, अपि च वकारस्य स्थाने ऊठ् आदेशो भवति अनुनासिकादि प्रत्यये परे. क्वि परे जलादि प्रत्यये च परे. श्व च इव च तयोः इति इतरेतरद्वन्द्वः छ्वौ योगे छ्वौ तयोः छ्वोः शकारः च ऊठ् च तयोः समाहारद्वन्द्वः शूड् इति भवति. झलां जशो अन्ते इत्यनेन सूत्रेण ठकारस्य स्थाने डकारः भवति. छ्वोः षष्ट्यन्तं शूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च इति अव्ययम् अनेकपदमिदं सूत्रम्. अनुनासिकस्य क्विझलोः ङिति इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रं. छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च. अत्र अस्मिन् सूत्रे तुक् सहित चकारस्य स्थाने शकारादेशः भवति.
महोदय, तुक् सहित चकारस्य स्थाने शकारादेशः इति उक्तं. तुक् सहित चकारः इत्यस्मिन् प्रसङ्गे भवान् किं जानाति, वदतु.
तुक् सहित चकारस्य चकारः इत्युक्ते तुक् तुक् आगमः भवति किल, तदेव तुक् सहित इति अत्र कथनं. तुक् इति आगमः कित् अस्ति इति कारणेन आद्यन्तटोकितौ इति सूत्रेण भवति.
सूत्रस्य प्रसङ्गे बहु किमपि ज्ञातव्यमेव. तुक् सहित चकारः इत्यस्मिन् प्रसङ्गे प्रथमतया ज्ञातव्यम् अस्ति, भवन्तः सर्वे श्रुतवन्तः एव, छेच इति एकं सूत्रम् अस्ति. छेच तत् सूत्रं कुत्र आयाति भवन्तः सर्वे जानन्ति खलु. इच्छति इति रूपम् अस्ति, इच्छति. इष् धातुः अस्ति, इष् इत्यत्र मूर्धन्य शकारः अस्ति. इष् धातुः तुदादिगणे अस्ति, इष् धातोः रूपमेव इच्छति. इच्छति रूपं कथं सिद्ध्यति इति प्रश्ने सति तत्र तुक् सहित चकारः तादृशं चिन्तनं तत्र अस्ति. धातुः इष् अस्ति, तुदादिगणे अस्ति. तुदादिगणे अस्ति इति कारणतः तुदादिभ्यः शः इति सूत्रेण शाविकरणप्रत्ययः आयाति. पश्चात् तिप्रत्ययः अस्ति. इष् धातोः प्रसङ्गे इषु गमि यमां छः इति एकं सूत्रम् आयाति. इष् धातोः प्रसङ्गे इषु गमि यमां छः तेन विशिष्टसूत्रेण षकारस्य स्थाने छकारः आयाति आदौ. तदा तत्र स्थितिः का? इष् इत्यस्य रूपम् इच्छ् भवति, इच्छ् इति रूपम् अस्ति. इच्छन्ति चेत् लिखन्तु, इच् भवति. पश्चात् तत्र छेच इति सूत्रं कार्यं करोति. छेच सूत्रं किं वदति? तत्र सूत्रे पदद्वयमेव अस्ति. छे इति सप्तम्यन्तं, च इति अव्ययपदम् अस्ति. छ इति अव्ययपदम् अस्ति. छेच इति कथनेन छकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति इति अर्थः. छकारे परे छकारात् पूर्वं यः ह्रस्वस्वरः अस्ति तस्य ह्रस्वस्वरस्य तुक् आगमः भवति. तुक् कित् अस्ति खलु, तुक् इति कथनेन तुक् आगमः, कित् आगमः अस्ति. अतः आद्यन्तौ टकितौ इति सूत्रेण तुक् आगमः अङ्गस्य अन्ते आयाति. अतः छकारे परे पूर्वं स्थितस्य ह्रस्वस्वरस्य तुक् आगमः भवति. तेन इच् इत्यत्र किं भवति? इच् इत्यत्र पूर्वस्वरः कः? ई अस्ति. ई इत्यस्मात् परं तकारस्य आगमः भवति. छकारात् पूर्वं तस्य आगमः भवति, तेन इत्च इति रूपं भवति. पश्चात् स्चुत्वं भूत्वा इत्युक्ते स्तोः स्चुनाश्चुः इति सूत्रेण छकारस्य प्रभावेण तकारस्य स्थाने चकारादेशः भवति. तादृशरीत्या इष् इत्यस्य रूपम् इच्छ् भवति. इच् योगः शा इत्यस्मात् आगतः, पश्चात् तिप्रत्ययः अस्ति, तेन इच्छति इति रूपं सिद्ध्यति. तत्र तुक् सहित छकारः अस्ति. तादृश तुक् सहित छकारः अत्र अस्ति, अस्मिन् सूत्रे उक्तमस्ति. तुक् सहित छकारस्य स्थाने शकारादेशः भवति इति एकं कार्यम्. अनेन सूत्रेण कार्यद्वयं भवति. तुक् सहित छकारस्य स्थाने शकारादेशः भवति, अपि च धातौ वकारः अस्ति चेत् वकारस्य स्थाने ऊठादेशः भवति. ऊठि इत्यत्र ठकारः इति संज्ञकः, ऊ एव अवशिष्यते. कार्यद्वयं भवति अनेन सूत्रेण. कदा भवति इति प्रश्नः. इत्युक्ते तत्र निमित्तानि कानि? कस्यां दशायाम् एतत् कार्यद्वयं भवति? तुक् सहितचकारः अस्ति चेत् शकारादेशः, वकारस्य स्थाने ऊटादेशः इति अन्यत् कार्यमस्ति. कदा भवति? अनुनासिकादिप्रत्यये परे भवति, क्विप्रत्यये परे भवति, झलादिप्रत्यये परे भवति इति त्रीणि निमित्तानि उक्तानि. अनुनासिकादिप्रत्यये परे भवति, क्विप्रत्यये, क्विप्रत्ययः इत्युक्ते क्विप् अपि अयति. क्वि नाम्ना बहवः प्रत्ययाः सन्ति, क्विप् अपि तेषु अन्यतमः. अनुनासिकादिप्रत्यये परे भवति, क्विप्रत्यये परे भवति, झलादिप्रत्यये परे अपि भवति. इमानि त्रीणि निमित्तानि अस्य कृते उक्तानि सन्ति. सुन्दरमहोदय, भवान् किम् अवगतवान् अस्मिन् सूत्रे इतोपि वदतु.
अस्मिन् सूत्रे प्रथमं तुक् आगमः भवितव्यं, तदेव चकारस्य स्थाने शकारः भवति. यदि तुक् सहितचकारः अस्ति तस्य स्थाने शकारः आदेशरूपेण आगच्छति. तत्र एकः कार्यं. तदनन्तरं तस्य वकारस्य स्थाने ऊट् आदेशः भवति. किं निमित्तानि, कानि निमित्तानि सन्ति? अनुनासिक प्रत्यये परे, क्वि प्रत्यये परे, अथवा जलादि प्रत्यये परे. त्रीणि निमित्तानि सन्ति. त्रीणि समान निमित्तानि, कोऽपि निमित्तं पूरितं चेत् तत्र किं भवति? वकारस्य स्थाने ऊठ् आदेशः भवति. ऊठ् इति कथनेन ठकारस्य, हलन्त्यमिति सूत्रेण ठकारस्य इत्संज्ञा भूत्वा लोपः भवति. उ एव अवशिष्यते. अत्र वकारस्य स्थाने उ इति आदेशः भवति.
सिवियोगः न इत्यत्र इदं सूत्रं किमर्थं प्रसक्तमस्ति?
सिवियोग न इति कथनेन अत्र सिव् वकारः अन्तिमवर्णः, प्रथमस्य धातोः अन्तिमवर्णः वकारः अस्ति. अत्र न इति उणादिप्रत्ययः, आर्धधातुकप्रत्ययः. न इति जलादिवर्णे अस्ति वा? आम्, जल् वर्णे अस्ति. जल् प्रत्याहारे अत्र न इति उणादिप्रत्ययः भवति इति कारणेन जलादिप्रत्यये परे वकारस्य स्थाने ऊठ् आदेशः भवति.
महोदय, झल् प्रत्याहारे नकारः अस्ति वा?
झल् झबै इत्युक्ते झल् प्रकारल.
तस्मात् पूर्वं यमगणनम् अस्ति खलु?
यमगणनम्
तत्र अस्ति न. अत्र निमित्तं किं? सिवियोगः न इत्यत्र न इति अनुनासिकादिप्रत्ययः.
अनुनासिकादि, ओके, अनुनासिकादिप्रत्ययः. जलादि वर्णे प्रत्यये नास्ति. जलादि प्रत्याहारे नास्ति, जल् प्रत्याहारे नास्ति. अनुनासिकदि न इति अस्ति. ओके, न इति अस्ति इति औणादिप्रत्यये परे वकारस्य ऊट् आदेशः भवति. तत्र स्यो सिव् योगे न इति स्थितौ नकारे परे, इत्युक्ते अनुनासिकादि प्रत्यये परे वकारस्य स्थाने ऊठ् आदेशः भवति. उ इति आदेशः भवति. दट् इस् सिव् सि सि उ.
अस्य सूत्रस्य कार्यं भवति वा न वा इति आदौ चिन्तनीयम्. इत्युक्ते अस्माकं चिन्तनं किम् अस्ति? एतेषु त्रिषु सूत्रेषु अन्तरङ्गसूत्रं किम् इति निर्णेतव्यम्. अन्ततो गत्वा किं रूपं सिद्ध्यति इति अस्माकं चिन्तनं नास्ति, किन्तु अत्र इदं सूत्रं प्रसक्तम् अस्ति. तत्र किं निमित्तम् अस्ति, किमर्थम् इदं सूत्रं प्रसक्तम् अस्ति इति प्रश्ने सति अत्र तुक् सहितचकारः नास्ति. केवलम् अत्र सिव् इति धातौ वकारः अस्ति, अपि च धातोः परम् अनुनासिकादिप्रत्ययः अस्ति. नकारः अनुनासिकवर्णः, अत्र अनुनासिकादिप्रत्ययः न इति प्रत्ययः अस्ति. साधु महोदय, छोः षूडननासिके च इति सूत्रस्य प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते अत्र त्रीणि पृथक् निमित्तानि उक्तानि. त्रीणि पृथक् निमित्तानि इत्युक्ते अनुनासिकादिप्रत्यये परे अस्य कार्यं भवति, क्विप्रत्यये परे भवति, झलादिप्रत्यये परे अपि अस्य कार्यं भवति. छ्वोः अङ्गस्य इति उक्तमस्ति, अतः इदं सूत्रम् अङ्गाधिकारे अस्ति. अनेन सूत्रेण अङ्गकार्यं भवति. अङ्गम् इति कथनेन तस्मात् परं प्रत्ययस्य आवश्यकता अस्ति. प्रत्ययः अस्ति चेदेव अङ्गम् इति कथयितुं शक्नुमः. अङ्गम् इति कथनेन प्रत्ययः कः इति प्रश्नः उदेति. छ्वोः अङ्गस्य इति कथनेन इदं सूत्रम् अङ्गाधिकारे अस्ति. अपि च येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य आवश्यकता अपि अस्मिन् सूत्रे अस्ति. किमर्थं चेत् यस्य अङ्गस्य अन्ते तुक् सहितचकारः अस्ति तादृश अङ्गस्य तुक् सहितचकारस्य स्थाने तालव्यचकारादेशः भवति. तादृश अर्थः अत्र अस्ति इति अवगन्तुं येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य आवश्यकता अपि अस्ति. तत् सूत्रं सहकरोति. अत्र यस्य अङ्गस्य अन्ते तुक् सहितचकारः अस्ति तादृश अङ्गस्य तुक् सहितचकारस्य स्थाने तालव्यचकारादेशः इति प्रथमविषयः. तुक् सहितचकारः इति कथनेन तत्र अल्पप्राणचकारयुक्तमहाप्राणचकारः इति स्मर्तव्यम्. छ्वोः इति कथनेन तुक् सहितचकारस्य विषयः उक्तः अस्ति, वकारस्य विषयः अपि उक्तः अस्ति खलु. अङ्गस्य अन्ते वकारः अस्ति चेत् अत्र प्रत्ययः अस्ति, अतः प्रत्ययात् प्राक् यावदस्ति तत् सर्वम् अङ्गम् इति उच्यते. अङ्गस्य अन्ते वकारः अस्ति चेत् तस्मात् परम् अनुनासिकादिप्रत्ययः अस्ति चेत् वकारस्य स्थाने ऊठादेशः भवति इति अनेन सूत्रेण उच्यते. अपि च अस्मिन् सूत्रे कार्यद्वयम् उक्तमस्ति, अतः यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य आवश्यकता अपि अस्ति. अत्र आदेशाः क्रमेण भवन्ति. यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य साहाय्येन क्रमेण आदेशाः भवन्ति. इत्युक्ते तुक्सहितचकारस्य स्थाने तालव्यचकारः, वकारस्य स्थाने ऊठादेशः. आदेशद्वयम् एतौ द्वौ आदेशौ क्रमेण भवतौ. चकारस्य स्थाने चकारादेशः, वकारस्य स्थाने ऊठादेशः अनुनासिकादिप्रत्यये परे भवति. सिवियोगः न इत्यत्र अस्य सूत्रस्य कृते निमित्तानि पूरितानि. इदं सूत्रम् अङ्गाधिकारे अस्ति. इदं कार्यं वर्णनिमित्तिकं कार्यं नास्ति. वयं जानीमः खलु वर्णादाङ्गं बलीयः इति नियमेन अत्र लोपोव्योर्वलि सूत्रस्य कार्यं भवितुं न अर्हति. वर्णादाङ्गं बलीयः वर्णनिमित्तिककार्यस्य अपेक्षया अङ्गकार्यं बलवत् भवति इति नियमेन अत्र अङ्गकार्यमेव करणीयम्. इत्युक्ते लोपोव्योर्वलि छ्वोः षूडननासिके च अनयोर्मध्ये लोपोव्योर्वलि सूत्रं सूत्रेण वर्णनिमित्तिकं कार्यं भवति, छ्वोः षूडननासिके च सूत्रेण अङ्गकार्यं भवति. इत्यतः अङ्गकार्यं बलवदस्ति इति कारणतः छ्वोः षूडननासिके च सूत्रस्य कार्यमेव भवति. अपि च इतोपि किञ्चित् चिन्तनमस्ति द्वयोः मध्ये. अपि च पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अपि अत्र अस्ति. किमर्थं पुगन्तलघुपदस्य च सूत्रस्य कार्यम् अत्र भवति, तस्य कृते अत्र निमित्तानि कानि, एतदपि स्मर्तव्यं. पुगन्तलघुपदस्य च सूत्रमपि अङ्गाधिकारे अस्ति, तेनापि अङ्गकार्यमेव भवति. अङ्गस्य इत्यस्मिन् अधिकारे अस्ति इत्यतः तदर्थम् एतानि त्रीणि सूत्राणि प्रसक्तानि. छ्वोः षूडनुनासिके च सूत्रस्य प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यम् अस्ति. नरसिंह हेग्डे महोदय, भवान् वदतु अस्य सूत्रस्य प्रसङ्गे.
छ्वोः षूडनुनासिके च षष्ठम् अध्याय अस्ति. अङ्गस्य इति अधिकारः अस्ति, अङ्गाधिकारः अस्ति. अत्र अत्र किं भवति, तुक्सहितचकारस्य स्थाने शकारादेश, अपि च वकारस्य स्थाने ऊटादेशः भवति. अनुनासिकादिप्रत्ययपरे निमित्तत्रयम् अस्ति, क्विप्रत्ययपरे जलादिप्रत्ययपरे. तत्र यदि सिवियोग न पश्यामः चेत् तत्र वकारस्य अन्ते अनन्तरं परे अनुनासिकप्रत्ययः अस्ति, अतः तत्र वकारस्य स्थाने अत्र ऊट् आदेशः भवति, सि उ इति भवति, ऊट् मध्ये टकारस्य हलन्तम् इति संज्ञा भवति, अतः सि उ परे अत्र अनुनासिकप्रत्यय इति निमित्तेन अत्र कार्यं भवति। तावत् अवगतं महोदय।
उत्तमम्। अपि च लोपोव्योर्वलि छ्वोः षोडनुनासिके च अनयोर्मध्ये विप्रतिषेधः अस्ति वा इति अपि द्रष्टव्यं। सोपानेन गन्तव्यं खलु। लोपोव्योर्वलि इति सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति वा, छ्वोः षोडनुनासिके च सूत्रस्य कृते अपि अन्यत्र अवकाशः कार्यं कर्तुम् अस्ति वा, अनयोः सूत्रयोः मध्ये विप्रतिषेधः अस्ति वा, तुल्यबलविरोधः अस्ति वा, एतत् सर्वं परिशीलनीयम् एव। अपि च अहं पूर्वम् उक्तवती खलु, अङ्गकार्यस्य अपेक्षया वर्णनिमित्तिकं कार्यस्य बलं न्यूनं भवति, अङ्गकार्यमेव करणीयं, तेन नियमेन छ्वोः षोडनुनासिके च कार्यं भवितुम् अर्हति, किन्तु द्वयोर्मध्ये तुल्यबलविरोधः अस्ति वा इति अपि परिशीलनीयं भवति। अग्रिमे सप्ताहे तस्मिन् प्रसङ्गे इतोपि चर्चां करिष्यामः। अपि च अनुनासिकस्य क्विझलोः कृति इति दत्तमस्ति, अनुनासिकस्य क्विझलोः इति सूत्रं दत्तमस्ति। तत् सूत्रम् अहं कुत्र पठितवती इत्युक्ते, शान्तिः इति पदं जानीमः खलु, शान्तः इति पदमस्ति, शान्तिः क्तिन् प्रत्ययान्तरूपं, शान्तः इति क्तान्तरूपम् अस्ति, तस्य पदस्य रूपसाधनवेलायाम् इदं सूत्रम् आवश्यकं भवति। अनुनासिकस्य क्विझलोः क्निति, शम् इति धातुः अस्ति, उपशमे इत्यस्मिन् अर्थे शम् धातुः अस्ति, शम् धातोः परं क्त इति प्रत्ययस्य योजनेन शम् योगः क्त इति स्थितिः अस्ति, तत्र अनुनासिकस्य क्विझलोः क्निति इति विशिष्टसूत्रेण अनुनासिकान्तम् अङ्गमस्ति इति कारणतः झलादिकित्निति प्रत्ययः, तकारः झल् प्रत्याहारे अस्ति, क्ताप्रत्ययः कित् प्रत्ययः, झलादिकित् प्रत्यये परे अनुनासिकान्तस्य अङ्गस्य उपधादीर्घत्वं भवति, अतः शम् इत्यस्य रूपं शाम् भवति, शाम् योगः त शान्त इति रूपं भवति, किन्तु तत्र सन्धिकार्याणि नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इत्यादीनि सूत्राणि आयान्ति। तत्र शम् धातोः परं क्ताप्रत्ययस्य योजनेन शान्त इति रूपं, शम् धातुतः क्तिन् प्रत्ययस्य योजनेन शान्तिः इति रूपं भवति। तादृशरूपसाधनवेलायाम् अनुनासिकस्य क्विझलोः इति सूत्रस्य कार्यमस्ति, तस्मात् सूत्रात् अत्र क्विझलोः इत्यस्य अनुवृत्तिः अस्ति। अत्र क्वि प्रसङ्गे चिन्तनं किमपि नास्ति, क्वि इति भागं त्यजन्तु, सिवियोगः न इत्यत्र क्वि इत्यस्य प्रसङ्गः नास्ति, क्वि प्रत्ययस्य प्रसङ्गः अथवा क्वि प्रत्ययस्य प्रसङ्गः अत्र अनावश्यकः। छ्वोः षोडनुनासिके चेत् सूत्रस्य वकारस्य स्थाने ऊठादेशः इति भागः एव अत्र स्वीकर्तव्यः, सिवियोगः न इत्यस्यां दशायाम् इति स्मर्तव्यः अंशः। अत्र पाप्रश्मि इति रूपं दत्तमस्ति, महोदय भवान् पठित्वा वदतु।
दृष्टान्तः प्रापच् योगमि, छ्वोः षोडनुनासिके च प्रापश्मि इति भवति, अत्र अन्ते तुक् सहित चकारः अस्ति, तस्य स्थाने शकारः भवति, अतः प्रापश्योगमि श्वोषोडनस्के च इत्यस्य प्रसक्तिः प्रापश्मि इति रूपं भवति। अन्ते परे अनुनासिकप्रत्ययः अस्ति, अनुनासिकाधिपत्ये परे मि इति अनुनासिकाधिपत्यः, उत्तमपुरुष एकवचनम्।
एकवचनम्। उत्तमम्। इतोपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे?
न महोदय, किं न जानामि।
चिन्ता मास्तु महोदय। पाप्रच् इति लिखितमस्ति खलु, अत्र प्रच् इति धातुः अस्ति, वयं जानीमः प्रच् धातोः रूपमेव पृच्छति, प्रच् धातुं जानीमः, प्रच् धातोः रूपं पृच्छामि इति भवति, पृच्छामि इति रूपं कथं सिद्ध्यति इति अन्या वार्ता, तत्र सम्प्रसारणकार्यं भवति, प्रच् धातुः अपि सम्प्रसारणी धातुः एव, धातुः प्रच् सामान्यकर्तरी लट् रूपमस्ति, पृच्छामि पृच्छामि इति उत्तमपुरुष एकवचनरूपमेव, किन्तु अत्र किं रूपं दत्तमस्ति इत्युक्ते यङ् लुक् रूपं दत्तमस्ति, यङ् लुगन्तरूपं, यङ् लुक् प्रसङ्गे किं भवति, यथा महोदयेन उक्तं संयङ्गोः इति सूत्रं वयं द्वित्वप्रकरणे पठितवन्तः, संयङ्गोः इति सूत्रेण सन्नन्तधातुरूपसाधनवेलायाम् अपि च यङ्गन्तरूपसाधनवेलायां द्वित्वं भवति संयङ्गोः इति सूत्रेण, इतोपि अन्यानि कार्याणि भूत्वा पाप्रच् इति नूतनधातुः यङ्ग्लुक् धातुः तस्मात् परं मि इति अनुनासिकादिप्रत्ययः अस्ति. पाप्रच् इत्यत्र तुक् सहित चकारः अस्ति, इत्युक्ते तत्र छेच कार्यम् एतत् सर्वं भवति. प्रच् इति धातौ छेच इति सूत्रेण तुक् सहित चकारः तत्र अस्ति, अनुनासिकादिप्रत्ययः अस्ति इति कारणतः अत्र निमित्तानि पूरितानि, तेन पाप्रश्मि इति रूपं सिध्यति. पाप्रश्मि इति यङ्ग् लुगन्तरूपम् उत्तमपुरुष एकवचनरूपम् अस्ति. यङ्ग् लुक् इति कथनेन वयं पूर्वम् एकवारं पठितवन्तः धातोरेकाचो हलादेः क्रियासमभिहारे यङ्ग् इति सूत्रं. धातोरेकाचो हलादेः क्रियासमभिहारे यङ्ग् इति सूत्रेण यङ् इति प्रत्ययः विहितः भवति. यङ् प्रत्ययस्य अर्थः कः? प्रत्येकं प्रत्ययस्य अर्थः अस्ति खलु. एवमेव यङ् प्रत्ययस्य अर्थः वारं वारं करोति इत्यस्मिन् अर्थे, अतिशयार्थे यङ् प्रत्ययः विहितः भवति. किन्तु सर्वेभ्यः धातुभ्यः यङ् प्रत्ययः विहितः भवति वा? न, केवलं केभ्यश्चित् धातुभ्यः एव यङ् प्रत्ययः विहितः भवति. धातुः हलादिः स्यात्, एकाच् धातुः स्यात्, तादृशी स्थितिः अस्ति चेत् यङ् प्रत्ययस्य विधानं भवति. उदाहरणार्थम् अत्र प्रच् धातोः उदाहरणं दत्तमस्ति, किन्तु पठ् धातोः रूपाणि पापट्टि इति यङ् लुगन्तरूपं, यङ्गन्तरूपं पापठ्यते इति यङ्गन्तरूपं. यङ्गन्तरूपं भिन्नं, यङ् लुगन्तरूपं भिन्नं. यङ्गन्तधातुः भिन्नः, यङ् लुगन्तधातुः भिन्नः, किन्तु द्वयोः अर्थः समानः. द्वयोः रूपं भिन्नं, द्वयोः रूपं भिन्नं, किन्तु द्वयोः अर्थः समानः. अत्र क्षोः षूडनुनासिके च सूत्रस्य अवगमनार्थम् इदम् उदाहरणं दत्तमस्ति. अत्र तुक् सहितचकारः अस्ति, तस्मात् परम् अनुनासिकादिप्रत्ययः मि इति मकारादि मिप् प्रत्ययः अस्ति खलु, मि इति प्रत्ययः अस्ति इत्यतः तुक् सहितचकारस्य स्थाने शकारादेशः भवति, अतः पाप्रश् इति रूपं सिद्ध्यति. पश्चात् वर्णमेलनेन पाप्रश्मि इति भवति. एतेषां त्रयाणां सूत्राणां प्रसङ्गे अन्तरङ्गसूत्रं किम्, किमर्थं तत् सूत्रम् अन्तरङ्गं भवति, अपि च अन्तरङ्गं बहुविधमस्ति. निमित्तम् इति कथनेन संज्ञाकृतनिमित्तिक अन्तरङ्गं वा, अर्धकृतनिमित्तिक अन्तरङ्गं वा, शब्दकृतनिमित्तिक अन्तरङ्गं वा, एतत् सर्वं ज्ञातव्यम्. अस्मिन् विषये क्लेशः अस्ति, सावधानतया पठनीयं. भवन्तः सर्वे अपि एकवारं पुनः पठन्तु. समयाभावात् अत्र स्थगयाम. सर्वेषां धन्यवादाः.
धन्यवादः.
धन्यवादः.